सर्वेषां समासचिन्तनवर्गे एकवारं स्वागतं. वयं पूर्वं गीताप्रवेशः इति पुस्तकात् समासानां प्रसङ्गे किञ्चित् अधीतवन्तः. किन्तु अद्य वयम् अष्टाध्याय्याः सूत्राणाम् आधारेण समासानाम् अध्ययनं कर्तुं प्रयत्नं कुर्मः. तदेव अत्र वैशिष्ट्यम्. अतः अयं वर्गः तु समासप्रकरणवर्गः इति वक्तुं शक्यते. अयं तु प्रथमः वर्गः. अष्टाध्यायी इति ग्रन्थः अस्ति, भवन्तः सर्वे जानन्ति एव. अष्टाध्यायीग्रन्थः कीदृशः ग्रन्थः इति प्रथमतया ज्ञातव्यम्. इत्युक्ते अत्र अष्टाध्यायी नाम ग्रन्थः भाषायाः पाकशाला इति वक्तुं शक्यते. अत्र पाकशालायां वयं किं स्थापयामः? यावती सामग्री पाकशालायां पाककरणार्थम् आवश्यकमस्ति तत्सर्वं पाकशालायां वयं स्थापयामः. तथा एव भाषायाः निर्माणार्थं यावती सामग्री अपेक्षिता अस्ति तत्सर्वम् अस्मिन् ग्रन्थे, अष्टाध्यायीग्रन्थे तत्सर्वं लभ्यते. परन्तु सर्वा सामग्री एकत्र न लभ्यते. इत्युक्ते सर्वाणि सूत्राणि एकत्र न स्थापितानि सन्ति. सर्वाणि सूत्राणि पृथक् पृथक् स्थलेषु अथवा पृथक् पृथक् कोशेषु स्थाप्यन्ते. इत्युक्ते तेषां सूत्राणां श्रेणीम् आधारीकृत्य सर्वाणि सूत्राणि पृथक् पृथक् कोशेषु स्थापितानि सन्ति. अपि च प्रत्येकं कोशस्य नाम अस्ति प्रकरणम्. अष्टाध्याय्यां द्वित्वप्रकरणमस्ति, नत्वप्रकरणमस्ति, सम्प्रसारणप्रकरणमस्ति, एतादृशरीत्या बहूनि प्रकरणानि सन्ति. अपि च पाणिनेः ग्रन्थः प्रकरणस्य आधारेण विरचितः ग्रन्थः. इत्युक्ते एकस्मिन् प्रकरणे सर्वदा एकप्रकारककार्यमेव भवति. इत्युक्ते वारं वारम् एकमेव कार्यं कुर्मः चेत् तस्मिन् अस्माकं नैपुण्यं जायते. तदर्थं प्रत्येकस्मिन् प्रकरणे वारं वारम् एकप्रकारककार्यमेव भवति, समानप्रकारककार्यमेव भवति. अपि च पाणिनिः सर्वदा लघुत्वम् इच्छति. येषां सूत्राणाम् आधारेण समानप्रकारककार्यं भवति तानि तानि सूत्राणि अष्टाध्याय्याम् एकस्मिन् स्थले सङ्गृहीतानि भवन्ति. एकस्मिन् स्थले सन्ति इत्युक्ते किम्? इत्युक्ते एकस्मिन् प्रकरणे समानप्रकारककार्याणि अथवा समानप्रकारककार्याणि भवन्ति. तदर्थमेव समानप्रकारकसूत्राणि एकस्मिन् प्रकरणे स्थापितानि सन्ति. तदेव प्रकरणम् इति वदामः. अद्य वयं समासप्रकरणे किमस्ति इति एकवारं पश्येम. अत्र समास इत्युक्ते अयं वर्गः तु समासप्रकरणवर्गः इति वक्तुं शक्यते. किन्तु अस्मिन् वर्गे प्रवेष्टुं किम् आवश्यकम्? अपि च वयं गीतासोपानं गीताप्रवेशः प्रथमभाग इत्यस्मिन् पुस्तके वयं केवलं समासानां विषये किञ्चित् पूर्वम् अधीतवन्तः. अधुना सूत्राणाम् आधारेण परिशीलयामः. इत्युक्ते समासः इत्युक्ते किम्? अपि च समासः कति विधः? अपि च विग्रहवाक्यम् इत्युक्ते किं? विग्रहवाक्यानि कति प्रकारकाणि विग्रहवाक्यानि सन्ति? अपि च केषाञ्चन पारिभाषिकशब्दानां ज्ञानमपि अस्माकं कृते आवश्यकमस्ति. अपि च अष्टाध्यायीपुस्तके सूत्राणि कुत्र सन्ति? अपि च अष्टाध्यायीपुस्तकं कथं द्रष्टव्यम्? एतत् सर्वं वयम् अस्मिन् वर्गे पठामः. समासः इत्युक्ते अनेकस्य पदस्य एकपदी भवनम् इति निर्वचनम् अस्ति. इत्युक्ते एकस्मिन्नेव समये द्वयोः अथवा बहूनां पदानां मेलनेन समासं कर्तुं शक्यते. समासस्य अर्थावगमनार्थं विग्रहवाक्यं वदामः. विग्रहवाक्ये अपि बहवः प्रभेदाः सन्ति, लौकिकविग्रहवाक्यम्, अलौकिकविग्रहवाक्यम्, अपि च स्वपदविग्रहवाक्यम्, अस्वपदविग्रहवाक्यम्, एतादृशरीत्या बहवः विषयाः सन्ति. एतेषाम् अध्ययनं वयं सर्वे मिलित्वा अस्मिन् वर्गे कुर्मः. आरम्भे समासः इत्युक्ते बहु द्वयोः वा अथवा बहूनां पदानां मेलनम् एव समासः. किन्तु साधारणतया सुबन्तानां मध्ये एव समासः भवति. किन्तु कुत्रचित् केषुचित् स्थलेषु, इत्युक्ते वेदे केषुचित् स्थलेषु तिङन्तानां मध्ये अपि समासः भवति. अत्र समस्तपदनिर्माणसमये कानि कानि सोपानानि सन्ति, अपि च कानि सूत्राणि स्मर्तव्यानि, कानि सूत्राणि आवश्यकानि भवन्ति, एतत् सर्वम् अत्र पठिष्यामः. अनन्तरं वयं पूर्वं सन्धेः विषये दृष्टवन्तः. सन्धिः इत्युक्ते केवलं वर्णानां मेलनम्, इत्युक्ते वर्णविकारः. यत्र यत्र वर्णयोः मध्ये सामीप्यमस्ति तत्र वर्णविकारः भवति, स एव सन्धिः. किन्तु समासः इत्युक्ते वर्णानां मेलनम्, अपि तु सुबन्तपदानां मेलनम् इति वक्तुं शक्यते. सुबन्तानाम् एव साधारणतया समासः भवति, किन्तु तिङन्तानाम् अपि अपवादत्वेन कुत्रचित् भवति. अपि च समासनिर्माणसमये तत्र पूर्वपदस्य विभक्तेः लोपः भवति कुत्रचित्, कुत्रचित् न भवति. अपि च समासनिर्माणावसरे सन्धिः नित्यः, इत्युक्ते सन्धिः करणीयः एव, अस्माकं विवक्षानुगुणं कर्तुं न शक्यते. इत्युक्ते तत्र सन्धिः नित्यः इति वक्तुं शक्यते. अपि च समासस्य अथवा समस्तपदस्य अर्धावगमनार्थं विग्रहवाक्यं वदामः. तादृशरीत्या बहून् विषयान् अद्य वयं परिशीलयामः. तदर्थं भवन्तः सर्वे अत्र एकं करपत्रमस्ति, तं करपत्रम् अहम् ईमेल् माध्यमेन प्रेषितवती. तं करपत्रं दृष्ट्वा अद्य वयं चिन्तनं कुर्मः. सर्वे तत् करपत्रं पुरतः स्थापयन्तु. अत्र एकं समासपरिचयः नाम्ना एकं करपत्रमस्ति, तत् करपत्रं पुरतः स्थापयन्तु अधुना. अरविन्द महोदय, भवान् पठतु प्रथमपरिच्छेदम्.
आं भगिनि,
क्षम्यतां भगिनि, विलम्बेन आगच्छति.
चिन्ता मास्तु महोदय.
समासज्ञानं विना समस्तसंस्कृतवाङ्मयज्ञानं भवितुम् एव न अर्हति. संस्कृतभाषायां समासस्य प्रयोगः शास्त्रेषु, काव्येषु, वाक्येषु सर्वत्र दृश्यते. संस्कृतभाषायाः सम्यक् वाग्मनार्थं समासस्य अध्ययनम् अत्यावश्यकम्. समासः नाम किम्?
तावत्पर्यन्तम् अत्र लघुपरिच्छेदः एव. एतं परिच्छेदं परिशील्य प्रत्येकं वाक्यं स्वीकृत्य भवतः अवगमनं किम् अथवा भवान् किम् अवगतवान् किञ्चित् वदतु, प्रतिपादयतु.
संस्कृतभाषायां वाङ्मयज्ञानं समासं विना न भवितुम् अर्हति. समासस्य प्रयोगः शास्त्रेषु, काव्येषु, वाक्येषु सर्वत्र उपयोगम् अर्हति. संस्कृतभाषायां सम्यक् वाग्मनार्थं समासस्य अध्ययनेन
hmm.
उपयोगं वर्तते
वर्तते उत्तमं महोदय तावदेव अत्र पश्यतु समासज्ञानम् इत्येकं पदमस्ति अत्र समासज्ञानम् इति पदं समस्तपदं तत्र समासं कर्तुमिच्छामश्चेत् किं भवति समासस्य ज्ञानम् इति भवति तथा एव समस्तसंस्कृतवाङ्मयज्ञानम् अत्र पश्यतु बहूनि पदानि एकत्र स्थापितानि सन्ति इत्युक्ते द्वयोः बहूनां पदानां मेलनम् अत्र दृश्यते किन्तु समस्त एकं पदं संस्कृत अन्यत् पदं वाङ्मयम् इति अन्यत् पदं ज्ञानम् इति अन्यत् पदम् इत्युक्ते चत्वारि पदानि मिलित्वा एकमेव पदं निर्मितमस्ति अत्र स एव समासः इति वक्तुं शक्यते संस्कृतभाषायां समासस्य प्रयोगः सर्वत्र दृश्यते इति लिखितमस्ति सर्वत्र दृश्यते एतत् पदम् एतत् वाक्यं कर्मणि प्रयोगे अस्ति प्रयोगः दृश्यते कुत्र शास्त्रेषु काव्येषु वाक्येषु सर्वत्र संस्कृतभाषायाः सम्यक् अवगमनार्थं समासस्य अध्ययनम् अति आवश्यकम् अत्र सम्यक् अवगमनार्थम् इति लिखितमस्ति तत्र सन्धिः अभवत् कोऽपि वदति वा अत्र सन्धेः नाम किम् तत्र झलां जशोष्टे इति एकं सूत्रमस्ति सन्धिसूत्रं तेन सम्यक् योगः अवगमनार्थं सम्यग् अवगमनार्थम् इति पदं सिद्ध्यति तत्र समासस्य अध्ययनम् अति आवश्यकं तत्रापि यञ्सन्धिः अस्ति अत्यावश्यकम् इत्यस्मिन् इत्युक्ते अत्र किमपि विवरण
भगिनि
अति आवश्यकम् इति लिखितम् अस्ति यण्सन्धिः अस्ति इत्युक्ते अयं परिच्छेदः तु बहु स्पष्टः एव अत्र बहुत्र बहु विवरणस्य आवश्यकता नास्ति अत्र सम्यक् अवगमनं जातम् अस्माभिः तत्र इत्युक्ते समस्तपदेन विना समस्तपदैः विना संस्कृतभाषा एव नास्ति इति वक्तुं शक्यते अस्य परिच्छेदस्य पठनेन उत्तमं महोदय अनन्तरम् अत्र ललिता भगिनी भवती पठतु अग्रिमम् ललिता भगिनी अस्ति वा
हा पठामि समासः नाम कः अनेकस्य पदस्य एकपदीभवनं समासः इत्युच्यते द्वयोः अथवा बहूनां पदानां मेलनेन यदा एकं पदं निष्पन्नं भवति तदा समासः इत्युच्यते अर्थात् द्वयोः अथवा बहूनां पदानां मेलनेन एकार्थीभावः उत्पद्यते चेत् समासः इति कथ्यते एकार्थीभावरूपसामर्थ्यम् अस्ति चेत् एव समासः भवति यदा पदार्थानां मेलनेन एकार्थस्य बोधः जायते तदा समासे एकार्थीभावरूपसामर्थ्यम् अस्ति इति वदामः एकार्थीभावसामर्थ्यस्य अभावे समासः न भवति केवलं संहिता एव यथा सीतायाः पतिः
भगिनी अत्र स्थगयतु अस्मिन् परिच्छेदे किं लिखितमस्ति प्रत्येकं वाक्यं स्वीकृत्य स्वस्य वाक्यैः किञ्चित् वदतु
प्रयत्नं करोमि अनेकस्य पदस्य एकपदीभवनं समासः इति उच्यते सन्धि इत्युच्यते यणसन्धि द्वयोः अथवा बहूनां पदानां मेलनेन पदानां मेलनेन कर्तुम् इच्छामः तदा समासः भवति पदद्वयं वर्तते. अर्थात् द्वयोः एकाकीभाव एकस्य भावरूप यदि कर्तुं शक्यते तदा समासः भवति. यदा न न न शक्नोमि.
अहं किञ्चित् वदामि भगिनि, भवती समीचीनतया उक्तवती तदेव. इत्युक्ते अहं किञ्चित् किञ्चित् वदामि, शृणोतु. अत्र प्रथमं वाक्यमस्ति अनेकस्य पदस्य एकपदी भवनं समासः इति उच्यते. अत्र यदि वयं एतत् वाक्यं स्वीकृत्य इतोपि चिन्तनं कुर्मः चेत् समासस्य निर्वचनं वदति एतद् वाक्यम्. इत्युक्ते यद्यपि समस्तपदे बहूनि पदानि सन्ति तथापि केवलम् एकस्मिन् समये द्वयोः द्वयोः पदयोः मेलनमेव भवति इति एकः विषयः. इत्युक्ते यद्यपि समस्तपदे पदद्वयं भवितुमर्हति, पदत्रयं भवितुमर्हति, पदचतुष्टयं भवितुमर्हति, किन्तु एकस्मिन् समये युगपत् द्वयोः पदयोः मेलनमेव कर्तुं शक्नुमः. सः साधारणनियमः, किन्तु विशिष्टनियमः अपि अस्ति. विशिष्टनियमः इत्युक्ते द्वन्द्वसमासप्रसङ्गे तत्र बहूनां पदानां मेलनम् एकस्मिन् समये एव युगपत् भवति इति एकः विषयः. आहत्य अनेकस्य पदस्य एकपदी भवनं समासः द्वयोः अथवा बहूनां पदानां मेलनं यदा भवति तेन तस्य मेलनेन यत् पदं निष्पन्नं भवति तत्पदम् एव समस्तपदम् इति वक्तुं शक्यते. यत् पदं निष्पन्नं भवति तदेव समस्तपदम्. अपि च द्वयोः अथवा बहूनां पदानां मेलनेन एकार्धीभावः उत्पद्यते चेत् समासः इति कथ्यते. अत्र एकार्धीभावः इति एकं नूतनं पदमस्ति अस्माकं कृते. एकार्धीभावः इत्युक्ते किम् इति अस्माभिः अवगन्तव्यं. तदर्थम् अत्र समस्तपदम् एकं समस्तपदं स्वीकृत्य चिन्तनं कुर्मः. सीतापतिः इति समस्तपदमस्ति. सीतापतिः इति समस्तपदं स्वीकृत्य विग्रहवाक्यं वक्तुमिच्छामश्चेत् विग्रहवाक्यम् इत्युक्ते समासस्य अर्थबोधनार्थम् अर्थावगमनार्थं यद् वाक्यं लिखामः तदेव विग्रहवाक्यं. विग्रहवाक्यस्य कथनेन सीतायाः पतिः इति विग्रहवाक्यम् आयाति. अत्र अन्यत् उदाहरणं स्वीकृत्य वदामि. वाक्यद्वयम् अस्ति. राज्ञः पुत्रः धावति इति एकं वाक्यं. चोरपुरुषः अनुधावति इति द्वितीयं वाक्यम्. अत्र राज्ञः पुत्रः धावति इति प्रथमं वाक्यं, चोरस्य पुरुषः अथवा चोरपुरुषः अनुधावति इति द्वितीयं वाक्यम्. प्रथमे वाक्ये राज्ञः इति पदमस्ति, द्वितीये वाक्ये पुरुषः इति पदमस्ति. इत्युक्ते तयोः द्वयोः पदयोः मध्ये सम्बन्धः नास्ति. इत्युक्ते एकार्थीभावसामर्थ्यम् इत्युक्ते तयोः द्वयोः पदयोः मध्ये सम्बन्धः आवश्यकः. यदि तादृशसम्बन्धः पदयोः मध्ये नास्ति चेत् समासं कर्तुं न शक्यते. इत्युक्ते अत्र अग्रे अपि दत्तमस्ति ऐकपद्यम् अपि च ऐकस्वर्यम् इति समासस्य लक्षणम् इति उक्तमस्ति. यत्र द्वयोः पदयोः मध्ये एकार्थीभावसामर्थ्यं रूपसामर्थ्यम् अस्ति चेदेव समासं कर्तुं शक्नुमः, नो चेत् समासः न भवति इति लिखितमस्ति. इत्युक्ते तत्र तयोः पदयोः मध्ये सम्बन्धः आवश्यकः इति अस्ति. यदा पदार्थानां मेलनेन एकार्थस्य बोधः न जायते तदा समासं कर्तुं न शक्नुमः. इत्युक्ते समासे सर्वदा एकार्थीभावरूपसामर्थ्यम् आवश्यकम्. एकार्थीभावसामर्थ्यस्य अभावे यदि तद् नास्ति चेत् समासः न भवति तत्र केवलं संहिता एव भवति, इत्युक्ते पदानां नैकट्यमेव भवति, न तु समासः न भवति. अत्र एकार्धीभावसामर्थ्यविषये अग्रे अपि इतोपि लिखितमस्ति, तत्र पुनः एकवारं पश्येम. अग्रे गच्छेम. अत्र शर्मिला भगिनी भवती पठति वा अग्रे?
आं महोदय. यथा सीतायाः पतिः, सीतायाः इति षष्ठन्तं पदम् अस्ति, पतिः इति प्रथमान्तं पदम् अस्ति. एतयोः पदयोः मेलनेन सीतापतिः इति समासः भवति. सीता इति पदस्य कश्चित् अर्थः अस्ति, पतिः इति पदस्य अपि कश्चित् अर्थः अस्ति. अधुना यदा अनयोः पदयोः योजनेन समासः क्रियते तदा नूतनार्थः निष्पद्यते. सीतापतिः नाम कश्चन पुरुषः यः सीतायाः पतिः अस्ति. एतदेव एकार्थिभावसामर्थ्यम् उच्यते. समासे क्रियमाणे पदद्वयम् एकपदी भूत्वा विशिष्टम् अर्थं बोधयति, तदेव एकार्थिभावरूपसामर्थ्यम् इति कथ्यते. एकपद्यमैकस्वर्यं च समासस्य लक्षणं भवति. अत्र अत्र सीतायाः पतिः इति द्वयोपदानां समासप्रकरणं लिखितम् अस्ति. सीतायाः इति सीताशब्दस्य षष्ठी विभक्ति एकवचनं भवति. पतिः इति प्रथमा विभक्ति एकवचनम् अस्ति. द्वयोः पदोः डिफ्रेण्ट् मीनिङ्ग् अर्थः अस्ति. सीतायाः सीता अर्थः, पतिः इति हस्बेण्ड् इति अर्थः अस्ति. द्वयोपदानां समासः भवति सीतापतिः. सीतापतिः इति कश्चन पुरुष सङ्केतम् अस्ति. सीताया पति इति एकार्थं भवति. अतः एतदेव एकार्थिभावसामर्थ्यमिति उच्यते. प्रतिपादनं न शक्यते.
वयं सर्वे मिलित्वा अत्र प्रयत्नं कुर्मः भगिनी, चिन्ता मास्तु. अत्र यथा भवती उक्तवती सीतापतिः इति समस्तपदमस्ति, विग्रहवाक्यं सीतायाः पतिः अस्ति, सीतायाः इति षष्ठ्यन्तं पदं, पतिः इति प्रथमान्तं पदं, सीतायाः इति पद सीता इति पदस्य भिन्नः अर्थः अस्ति, अपि च पतिः इति पदस्य भिन्न अर्थः अस्ति. किन्तु सीतापतिः इति पदस्य अर्थः तु पूर्णतया तत् पदं विशिष्टं पदम्, अपि च तस्य अर्थः तु भिन्नः. इत्युक्ते सीता अपि च पतिः द्वयोः पदयोः योजनेन यत् पदं निष्पन्नं भवति तत् पदमेव समस्तपदं. समस्तपदस्य अर्थः तु भिन्नः. सीतापतिः इत्युक्ते कः? सीतापतिः इति कश्चन पुरुषः, सः एव सीतायाः पतिः इति वक्तुं शक्यते. इत्युक्ते अत्र इदम् उदाहरणं स्वीकृत्य वयम् एकार्थीभावसामर्थ्यम् इत्युक्ते किम् इति अवगन्तुं शक्नुमः. अत्र पश्यतु, समासे क्रियमाणे इति पदद्वयमस्ति. तत्र एतत् पदद्वयं अत्र कीदृशपदद्वयमस्ति वदतु? समासे क्रियमाणे
सीतायाः अपि पतिः.
अत्र सतिसप्तमी प्रयोगः अस्ति इति वदामः. समासे क्रियमाणे सति इति वक्तव्यमस्ति. सतिसप्तमी नाम्ना एकः विषयः अस्ति संस्कृतभाषायां व्याकरणे, कुत्र कुत्र सतिसप्तमी प्रयोगः भवति इति. समासे क्रियमाणे सति, अत्र क्रियमाणः इति कीदृशं पदम्?
सीतापति.
अत्र पदस्य विषये पृच्छामि. क्रियमाणम् अथवा क्रियमाण इति पदं शाणजन्तरूपं शाणजन्तरूपम् इत्युक्ते शाणच् इति एकः प्रत्ययः अस्ति संस्कृतभाषायां. क्रूधातुतः कर्मणि प्रयोगे लट्लकाररूपं क्रियते इति क्रियापदं सिद्ध्यति. समासः क्रियते इति एकं वाक्यं. तत्र क्रियते इति क्रूधातोः कर्मणि लट् रूपं, किन्तु अत्र कर्मणि शानच् इति वदामः. समासे क्रियमाणे सति यदा वयं समासं कुर्मः इति अर्थः. समासे क्रियमाणे सति पदद्वयम् एकपदी भूत्वा विशिष्टम् अर्धं बोधयति. इत्युक्ते समस्तपदनिर्माणस्य अनन्तरं यत् पदं निष्पन्नं भवति तत्पदं विशिष्टम् अर्धं बोधयति. तदेव एकार्धीभावरूपसामर्थ्यम् इति कथ्यते. अपि च अत्र ऐकपद्यम् ऐकस्वर्यं समासस्य लक्षणम् इति स्थूलाक्षरैः लिखितमस्ति. इत्युक्ते ऐकपद्यम् इति तद्धितप्रत्ययान्तरूपम् ऐकस्वर्यम् इत्युक्ते आङ्ग्लभाषायां वक्तुमिच्छामश्चेत् स्टेट् आफ् बीयिङ्ग् वन् वर्ड् इत्युक्ते ऐकपद्यम्. ऐकस्वर्यम् इत्युक्ते स्टेट् आफ् हेविङ्ग् वन् एक्सेण्ट् आफ् द आर् सेम्नेस् आफ् टोन् इति वक्तुं शक्यते. ऐकस्वर्यम् एतत् पदद्वयं तद्धितप्रत्ययान्त पदम्. ऐकपद्यम् ऐकस्वर्यम् एव समासस्य लक्षणम्. अपि च अत्र इतोपि किं वक्तुं शक्यते इत्युक्ते परस्पर अन्वितयोः पदयोः मध्ये एव समासः भवति. इत्युक्ते किं महोदय
ऐकपद्यं
ऐकपद्यम् ऐकस्वर्यम् इति लक्षणं, समासस्य लक्षणम् इत्युक्ते समस्तपदनिर्माणस्य अनन्तरं तत्पदम् ऐकस्वर्यम् अपि च ऐकपद्यं भवेत् इति समासस्य लक्षणम् इति लिखितमस्ति अत्र. अपि च परस्पर अन्वितयोः पदयोः मध्ये एव समासः भवति. परस्पर अन्वितयोः सुबन्तपदयोः इति अपि वक्तव्यं भवति. सुबन्तपदयोः मध्ये एव समासः भवति. इतोपि अत्र पीठिकारूपेण इतोपि किं दत्तमस्ति अत्र? उमा भगिनी भवती पठतु.
भगिनि एकः प्रश्नमस्ति. अत्र समासः भवति, तत्र विभक्त्याः न तिष्ठति वा?
हा, तत्सर्वम् आयाति महोदय, अग्रे आयास्यति. तत्सर्वम् आयास्यति अत्र. अत्र भवान् एव पठतु, अत्र अग्रिमपरिच्छेदं पठतु.
ओ, समासः इति पदस्य मिद्रवाक्यम् अस्ति समासनम् इति समासः. सम् योग असुं क्षोपेन क्षोपने इति धातुतः घङ् घञ् इति प्रत्ययं योजयित्वा समासः इति पदं निष्पन्नं भवति. समा योग असुं क्षेपेन इति धातुतः ल्युट् इति प्रत्ययं योजयित्वा समसनम् इति पदं निष्पन्नं भवति.
वदतु.
समासः इति पदस्य विग्रहवाक्यमस्ति न जानामि भगिनि.
किञ्चित् वदामि, अहं वदामि किञ्चित्. अत्र प्रथमं वाक्यं समासः इति पदस्य विग्रहवाक्यम् अस्ति समसनम्. समासः इत्युक्ते किं, समासः इत्युक्ते कः इति प्रश्नः उदेति सर्वदा. इत्युक्ते समासः इति पदस्य साधारणतया समासः इति पदम् अपि समस्तपदं, तत्र समस्तपदमस्ति वा कृदन्तपदं, क्षम्यतां कृदन्तपदं. समस्त समासः इति पदस्य विग्रहवाक्यं कृदन्तपदेषु अपि विग्रहवाक्यं वक्तव्यं भवति. समासः इति पदं कृदन्तपदं, तस्यापि विग्रहवाक्यं वक्तव्यं भवति. विग्रहवाक्यं वदामश्चेत् किं वदामः? समसनम् इति वक्तव्यं भवति. समसनम् इति कीदृशं पदं व्याकरणे? इत्युक्ते ल्युट् इति एकः प्रत्ययः अस्ति. ल्युडन्तपदानि सर्वदा नपुंसकलिङ्गपदानि भवन्ति. यथा पठनं, स्नानं, समसनं, श्रवणम्, एतादृशानि पदानि ल्युट् प्रत्ययान्तरूपाणि. समास
करणीयं
करणीयं नास्ति भगिनि. किमर्थमित्युक्ते न न अत्र करणीयम् इत्यस्मिन् पदे किं भवति? क्रूधातुतः अनियर् प्रत्ययः, अनियर् इति एकः प्रत्ययः अस्ति, अपि च तव्यत् इति एकः प्रत्ययः अस्ति. क्रूधातोः अनियर् प्रत्ययान्तरूपं करणीयं. यदि पदं तत्र साधारणतया कर्मपदस्य विशेषणं भवति अनियर् प्रत्ययान्तरूपम्, अथवा तव्यत् प्रत्ययान्तरूपमपि कर्मपदस्य विशेषणं भवति, अथवा ण्यत् यत् प्रत्ययान्तरूपाणि अपि कर्मपदस्य विशेषणानि भवन्ति. कर्मपदम् अनुसृत्य तस्य लिङ्गं वचनम् अपि परिवर्तनीयं. यथा भगिनी पुष्पा भगिनी उक्तवती करणीयं, किं करणीयं? कार्यं करणीयं, ग्रन्थः पठनीयः, पुस्तकं पठनीयं, ग्रन्थः पठनीयः, अथवा पत्रिका पठनीया. तथा अनियर् प्रत्ययान्तरूपाणि लिङ्गम् अनुसृत्य तेषां रूपं भिद्यते. अत्र अग्रे पुनः अस्माकं विषयः तु अत्र समासः इत्युक्ते किम्. अत्र पीठिकारूपेण किञ्चित् उक्तमस्ति. समसनम्, समसनम् इति लुडन्तपदं. ल्युट् इति एकः प्रत्ययः. ल्युट् प्रत्यये किं भवति? टकारः हलन्त्यम् इत्यनेन अपगच्छति, लकारः लशक्वतधिते इति इत्यनेन सूत्रेण अपगच्छति. तेन तत्र केवलं यु एव अवशिष्यते. तत्र एकं सूत्रमस्ति युवोरनाकौ इति सूत्रेण अन इति आदेशः भवति. तदर्थमेव ल्युट् प्रत्ययान्तरूपेषु पदेषु तत्र अन इति अन्ते श्रूयते. अन वा अथवा तत्र रेफः अस्ति चेत् अण इति अपि आयाति. कथं? करणम् इति ल्युडन्तरूपं, कारणम् इत्यपि लुडन्तरूपं. करणम् इति केवलं क्रूधातोः सामान्यलुडन्तरूपं. कारणम् इति पदं क्रूधातोः णिच् प्रत्ययान्तरूपं. तत्र णिजन्तरूपम् इत्युक्ते णिच् प्रत्ययः अपि अस्ति. किन्तु अस्माकं विषयः तु समसनम्. अत्र समसनम् इति पदं कथमागतम् इति पश्यामश्चेत्, सम् उपसर्गपूर्वकः, असु इति एकः धातुः अस्ति. सः धातुः वयं सर्वे जानीमः, दशधातुगणाः सन्ति. तेषु चतुर्थः गणः एव दिवादिगणः. दिवादिगणीयधातुषु अन्ते साधारणतया यकारः श्रूयते. अस्माकम् अभिज्ञानार्थं वदामि, तत्र असुधातोः रूपम् असुक्षेपणे इत्यस्मिन् अर्थे. इत्युक्ते धातोः अर्थः कः इत्यपि ज्ञातव्यम्. इत्युक्ते एकः एव धातुः बहुषु गणेषु दृश्यते, कुत्रचित् स्थलेषु बहुषु गणेषु दृश्यते. अपि च दिवादिगणीयधातुः असुधातोः रूपम् अस्यति, अस्यतः, अस्यन्ति इति लट्लकाररूपाणि सन्ति. तस्मात् धातुतः एतत् पदं निष्पन्नं भवति. समसनम् इति ल्युडन्तपदम् इत्युक्ते सम् उपसर्गपूर्वकः असु धातुः ल्युट् प्रत्ययः. तेन समसनम् इति पदम् आगतं. किन्तु समासः इति भिन्नं पदं. समासस्य अर्थः एव समसनं, किन्तु समासः इति पदं कथमागतम् इति अग्रे उक्तमस्ति. अत्र सम् उपसर्गपूर्वकः असु क्षेपणे, तत्र किञ्चित् मुद्रणदोषः अस्ति. क्षेपणे मूर्धन्यणकारः लेखनीयः. किमर्थम् इत्युक्ते क्ष इत्यस्मिन् षकारः अस्ति, मूर्धन्यषकारः, रषाभ्यां नोणः इति सूत्रेण तत्र षकारं षकारः निमित्तमस्ति. अपि च तत्र
नत्वं
वदतु, नत्वं भवति,
नत्वं वा
अण अणत्वं भवति. तत्र षकारः निमित्तमस्ति इति कारणतः तत्र दन्त्यनकारस्य स्थाने मूर्धन्यणकारः लेखनीयमस्ति, किन्तु किञ्चित् मुद्रणदोषः. सम् उपसर्गपूर्वकः असुधातुः. अनन्तरं घञ् इति एकः प्रत्ययः अस्ति. घञ् प्रत्ययान्तरूपाणि सर्वाणि पुंलिङ्गपदानि एव भवन्ति. कथं? पठ् धातुतः पाठः, भुज् धातुतः भोगः, अनन्तरं अत्र असुधातोः रूपम् आसः इति घञ् प्रत्ययान्तरूपं. भ्रूधातोः रूपं भारः, तादृशानि पदानि सिद्ध्यन्ति. अत्र समासः इति पदस्य विषये संयोगः असुधातुः घञ् इति प्रत्ययः प्रत्ययं योजयित्वा समासः इति पदं निष्पन्नं भवति. संयोगः असुक्षेपणे इति धातुतः ल्युट् प्रत्ययान्तरूपं योजयित्वा समसनं इति पदं निष्पन्नं भवति इति इत्युक्ते एतावता अस्मिन् परिच्छेदे. समसनं इत्युक्ते समासः. समसनम् इत्युक्ते आङ्ग्लभाषायां काम्बिनेशन् अथवा टुगेदर्नेस् इति वक्तुं शक्यते. समासः इत्युक्ते समसनं इत्युक्ते द्वयोः पदयोः निर्माणं कथं भवति, एतत् पदद्वयं कीदृशं पदद्वयं. पदद्वयमपि कृदन्तपदं, ल्युट् प्रत्ययः अपि कृत् प्रत्ययः, समासः अपि कृत् प्रत्ययः. कथं जानीमः? धातुतः कृत् प्रत्ययस्य योजनेन यत् पदं साधितं तत् पदं कृदन्तपदम्. अत्र ल्युट् इति एकः कृत् प्रत्ययः. घञ् प्रत्ययः अपि ल्युट् कृत् प्रत्ययः एव. तत्र प्रत्ययाः के के वयं सर्वे जानीमः एव. अत्र धातुतः तिङ् प्रत्ययस्य योजनेन तिङन्तपदं सिद्ध्यति, कृत् प्रत्ययस्य योजनेन कृदन्तपदं सिद्ध्यति. अत्र तु घञ् प्रत्ययः कृत् प्रत्ययः अस्ति. एतत् पदद्वयं समसनम् अपि च समासः, पदद्वयं कृदन्तपदम् इति वक्तुं शक्यते. उत्तमम्. अनन्तरं दर्शन भगिनी किञ्चित् पठति वा अग्रिमपरिच्छेदं?
भगिनी
वदतु महोदय.
अत्र विग्रहवाक्यम् इति समासपदं, समासपदम् अस्ति.
विग्रहवाक्यम् विग्रहवाक्यम् इति पदमपि समस्तपदम् इति भाति महोदय. समस्तपदमेव. किन्तु विग्रहवाक्यम् इत्यस्मिन् पदे विग्रहवाक्यं कथं वक्तव्यम् इति अत्रापि नियमाः सन्ति. तदर्थमेव वयम् अत्र सर्वे पठामः. विग्रहवाक्यस्य वदनार्थं कथनार्थं केचन नियमाः सन्ति. अस्माकम् इच्छानुसारं यथाशक्यं कर्तुं न शक्यते. इत्युक्ते तत्र केवलं नियमानुसारेण एव विग्रहवाक्यस्य कथनं भवति. विशेषतया अर्थमाश्रित्य, अर्थं दृष्ट्वा एव विग्रहवाक्यं वक्तव्यं भवति. अस्मिन् सन्दर्भे अहं न जानामि कथं वक्तव्यम्. अनन्तरम् अत्र पृष्ट्वा वदामि महोदय, अग्रिमे सप्ताहे पृष्ट्वा वदामि. अनन्तरं दर्शनभगिनी वदति वा?
सुबन्तानाम् एव समासः भवति, वेदेषु तिङन्तानाम् अपि समासः.
पुष्पा भगिनि वदामि. विग्रहाभ्यां वाक्यं
न
नास्ति.
इत्युक्ते अत्र वाक्यं कीदृशम् इत्युक्ते अत्र विशेषणपूर्वपदकर्मधारयः भवति वा, नो चेत् इतोपि तत्र इतोपि चिन्तनीयं भवति वा? तत्र इत्युक्ते विग्रहवाक्यस्य कथनेन तस्य अर्थबोधः जायते. अर्थबोधनार्थम् एव विग्रहवाक्यं, नो चेत् तस्य आवश्यकता एव नास्ति. इत्युक्ते तत्र विग्रहवाक्यस्य कथनेन तस्य अर्थः सम्यक् अस्माभिः ज्ञायते, तादृशरीत्या वक्तव्यम्, अस्माकम् इच्छानुसारं कर्तुं न शक्यते. तदर्थमेव अत्र अष्टाध्याय्यां बहूनि सूत्राणि सन्ति. अस्तु, भगिनी पठतु.
सुदन्तानामेव समासः भवति, वेदेषु तिङन्तानामपि समासः भवति, परन्तु लोके सामान्यतया सुबन्तानाम् एव समासः भवति. समासः युगपत् द्वयोः द्वयोः सुबन्तयोः एव भवति. द्वन्द्वसमासे, बहुव्रीहि समासे च युगपत् बहूनां पदानाम् अपि समासः भवति. परस्पर अन्वितयोः सुबन्तयोः एव समासः भवति. समासे पूर्वत्र श्रूयमाणं पदं पूर्वपदमिति, उत्तरत्र श्रूयमाणं पदम् उत्तरपदम् इति च व्यवह्रियते. समासे जाते पूर्वपदम् उक्तपदं च प्रातिपदिकरूपेण स्थितं भवति. ततः समस्तात् पदात् विभक्तिः योजनीया. समासप्रक्रिया अग्रे प्रदर्श्यते.
अत्र
आङ्ग्लभाषायां
अत्र एकवारं पश्यतु, प्रदर्शयति इति पदं नास्ति. अत्र किमस्ति? प्रदर्श्यते इति अस्ति. अत्र प्रदर्श्यते इति पदं कीदृशं पदम्?
कर्मणि.
उत्तमं, कर्मणि, कर्मणि प्रयोगे. अत्र प्राव् उपसर्गपूर्वकः दृश् धातुः अस्ति कर्मणि प्रयोगे, अपि च णिच् रूपमपि. प्रदर्श्यते इति रूपम् अस्ति. अग्रे प्रदर्श्यते. का प्रदर्श्यते? समासप्रक्रिया प्रदर्श्यते. वदतु भगिनि, एकमेकं वाक्यं स्वीकृत्य वदतु.
तर्हि समासः सुबन्तानाम् एव भवति, तिङन्तानां तु वेदेषु अस्ति, न तु वेदेषु अस्ति. लोके सामान्यतया आर्डिनरिलि सुबन्तानाम् एव वयम् उपयुज्यते. द्वन्द्वसमासे, बहुव्रीहिसमासे युगपत् बहूनां पदानां भवति. बोत् शुड् बि रिलेटेड् टु ईच् अदर्. आदौ यत् पदं श्रूयते तत् तद् पूर्वपदम्. अनन्तरं यत् पूर्व यत् पदं श्रूयते तत् उत्तरपदम् इति समासे ज्ञायते. समासे समासस्य विभक्तिं विना यत् पदम् अस्ति तत् प्रातिपदिकम् इति. प्रातिपदिकपदम् अनन्तरं वयं विभक्तिः योजनीया इति. अग्रे प्रक्रिया पठामः.
अस्तु, इतोपि किञ्चित् परिशीलयामः. अत्र सुबन्तपदानां मध्ये एव द्वयोः युगपत् द्वयोः सुबन्तयोः मध्ये एव समासः भवति. इत्युक्ते सुबन्तः इत्युक्ते कः इति अस्माभिः ज्ञातव्यं. भगिनी भवती एव वदतु, सुबन्तपदम् इत्युक्ते किम्?
यत् तिङन्तं नास्ति तत् सुबन्तम्. विशेषणः विशेषणः कृदन्तः, अनन्तरं संज्ञा, नामपदं, यत् तिङन्तं नास्ति तत् सर्वे सुबन्त इति अहम्.
उत्तमम्. अत्र पश्यतु, अत्र वेदः इति पदं सुबन्तपदम्. किमर्थं सुबन्तपदम् इति वदामः? इत्युक्ते वेदः इति पदस्य अन्ते सुप् इति एकः प्रत्ययः अस्ति. कति सुबादयः सन्ति? एकविंशतिसुप्रत्ययाः सन्ति. तत्र विभक्तिसंज्ञकाः सुप्रत्ययाः एकविंशति सुप्रत्ययाः सन्ति सु औजस् अमौक्षस् ताभ्यां भिस् नेभ्यां भ्यस् न्यसीभ्यां भ्यस् तादृशरीत्या एकविंशति सुप्रत्ययाः सन्ति यस्य पदस्य अन्ते सुप् प्रत्ययः अस्ति तत् पदं सुबन्तपदं तथा एव अत्र वेदः इति पदं सुबन्तपदम् इत्युक्ते तत्र सुबन्तपदम् इत्युक्ते तत्र प्रातिपदिकम् अस्ति प्रातिपदिकस्य अन्ते सुप् इति प्रत्ययं योजयामः प्रातिपदिकम् इत्युक्ते प्रकृतिः प्रकृतिप्रत्यययोः मेलनेन एव पदं सिद्ध्यति व्याकरणलोके सुप् तिङन्तं पदम् इति एकं सूत्रमस्ति इत्युक्ते पदसंज्ञा कथं भवति सुप् तिङन्तं पदम् इति सूत्रेण पदसंज्ञा भवति अत्र पदं केवलं द्विविधमेव तिङन्तं पदं सुबन्तपदं यस्य पदस्य अन्ते सुप्रत्ययः अस्ति सः सुबन्तः सुबन्तं पदं यस्य पदस्य अन्ते तिङ्प्रत्ययः अस्ति तिङ्प्रत्ययः इत्युक्ते अष्टादश तिङ्प्रत्ययाः सन्ति तत्र तिप् तस् झि सिप् तादृशरीत्या नव तिङ्प्रत्ययाः परस्मैपदीधातूनां कृते नव तिङ्प्रत्ययाः आत्मनेपदीधातूनां कृते आहत्य अष्टादश तिङ्प्रत्ययाः सन्ति यस्य पदस्य अन्ते तिङ्प्रत्ययः अस्ति सः तत्पदं तिङन्तपदम् इति वदामः अत्र किं दत्तमस्ति सुबन्तानाम् एव समासः भवति तिङन्तानाम् अपि भवति कुत्र वेदेषु लोके सामान्यतया सुबन्तानाम् एव समासः भवति समासः युगपत् द्वयोः सुबन्तयोः एव भवति इति अयं विषयः तु स्मर्तव्यः इत्युक्ते सुबन्तयोः मध्ये एव समासः भवति अपवादत्वेन कुत्रचित् वेदेषु अपि तिङन्तानां मध्ये भवति अपि च अत्र एकं विशिष्टनियमः अपि उक्तमस्ति साधारणतया द्वयोः पदयोः मध्ये एव भवति किन्तु द्व्वन्द्वसमासप्रसङ्गे बहुव्रीहिसमासप्रसङ्गे बहूनां पदानां मेलनम् अपि युगपत् एकस्मिन्नेव समये भवति कथं सीतारामलक्ष्मणभरतशत्रुघ्नाः इति पदं वदामश्चेत् तत्पदं तस्मिन् पदे द्वन्द्वसमासः अस्ति इत्युक्ते सर्वेषां पदानां मेलनम् एकस्मिन्नेव समये भवति अत्र साधारणतया द्वयोः पदयोः मध्ये भवति किन्तु विशेषतया इत्युक्ते अष्टाध्याय्यां सर्वत्र प्रथमतया सामान्यसूत्रम् अथवा सामान्यनियमः नियमं वदति तदनन्तरं विशिष्टनियमान् प्रतिपादयति पाणिनिमहर्षिः अत्र द्वन्द्वसमासप्रसङ्गे अपवादत्वे विशेषतया बहूनां पदानां मध्ये अपि समासः भवति इति अत्र लिखितमस्ति अपि च अन्यः विषयः परस्पर अन्वितयोः सुबन्तयोः मध्ये एव समासः भवति इत्युक्ते तयोः पदयोः मध्ये सम्बन्धः अपेक्षितः अन्वितयोः पदयोः इति लिखितमस्ति अपि च समासे पूर्वत्र श्रूयमाणं पदम् अत्र श्रूयमाणं कीदृशं पदं वदतु भगिनि शाणच् कर्मणि शाणच् कथं तत्र कर्मणि प्रयोगे श्रूयते श्रूधातोः रूपं श्रूयते तस्मात् एव इत्युक्ते सर्वेभ्यः सर्वेषां धातूनां कृते कर्मणि शाणच् भवति एव इत्युक्ते केवलम् आत्मनेपदी धातूनां कृते कर्तरे शाणच् भवति किन्तु सर्वेषां धातूनां कृते कर्मण्यर्थे शाणचन्तरूपं भवति एव यथा वयं पूर्वं दृष्टवन्तः क्रियमाणं क्रूधातुः क्रूधातुः तु उभयपदी धातुः अस्ति उभयपदि करोति इति रूपमपि अस्ति कुरुते इति रूपमपि अस्ति किन्तु श्रूधातुः अत्र श्रूयते इति कर्मणि लट्रूपं श्रूयमाणम् इत्युक्ते यत् पदं पूर्वं श्रूयमाणं पूर्वं श्रूयते तदेव इत्युक्ते समस्तपदे यदि पदद्वयमस्ति चेत् यत् पदं पूर्वं श्रूयमाणमस्ति तदेव पूर्वपदम्, उत्तरं श्रूयमाणं पदम् उत्तरपदं. तत्र काठिन्यं किमपि नास्ति. समासे जाते अत्रापि सतिसप्तमी अस्ति. समासे जाते पूर्वपदम् उत्तरपदं च प्रातिपदिकरूपेण स्थितं भवति. इत्युक्ते समस्तपदनिर्माणस्य अनन्तरं प्रातिपदिकं सिध्यति. इत्युक्ते तत्र प्रातिपदिकम् इत्युक्ते प्रातिपदिकं केन सूत्रेण सिध्यति इत्युक्ते अग्रे गत्वा वयं पठिष्यामः. एकं सूत्रमस्ति कृत्तद्धितसमासाश्च इति सूत्रेण समस्तपदस्य प्रातिपदिकसंज्ञा भवति. अत्र यदा वयं प्रातिपदिकं निर्मामः तदनन्तरं पुनः सुप्रत्ययस्य योजनेन तत् पदं पदसंज्ञां प्राप्नोति. अत्र इतोपि अत्र किमस्ति प्रातिपदिकरूपेण, अपि च अत्र एकः विषयः अस्ति. साधारणतया समस्तपदनिर्माण अवसरे द्वयोः पदयोः प्रातिपदिकम् एव स्वीकर्तव्यं. प्रातिपदिकं स्वीकृत्य तयोः द्वयोः मेलनं कृत्वा सन्धिं कृत्वा समस्तपदस्य प्रातिपदिकं निर्मामः. तदनन्तरं पुनः अन्ते सुप्रत्ययं योजयामः इति अर्थः. ततः समस्तात् पदात् विभक्तिः योजनीया. इत्युक्ते प्रथमतया समस्तपदस्य प्रातिपदिकं निर्मातव्यं. तदनन्तरं पुनः विवक्षानुगुणम् अत्र विभक्तिः इत्युक्ते सुप्रत्ययं योजयामः. तेन समस्तपदनिर्माणं भवति. इत्युक्ते अत्र एका प्रक्रिया अस्ति. इत्युक्ते कानिचन सोपानानि सन्ति. समासप्रक्रिया अग्रे प्रदर्श्यते इति लिखितमस्ति. अत्र इतोपि किं ज्ञातव्यम् अस्मिन् परिच्छेदे? अत्र तावदेव. अत्र विनय महोदय भवान् पठतु.
आं महोदय. समासे सर्वदा अर्थस्य प्राधान्यम् अस्ति. समासस्य अर्थं बोधयितुं विग्रहवाक्यम् उच्यते. समासस्य अर्थम् अवलम्ब्य एव विग्रहवाक्यं वक्तव्यम्. अर्थस्य ज्ञानं विना समासं वक्तुं न शक्यते. सर्वदा प्रसङ्गम् अवलम्ब्य विग्रह वक्तव्यः. तर्हि समासाध्ययने अस्माकं प्रथमं कार्यम् अस्ति समासस्य अर्थ अवगमनम्. अर्थं ज्ञात्वा समाससूत्राणां साहाय्येन सुलभतया विग्रहवाक्यं कथं भवति, समासः कः इति ज्ञातुं शक्नुमः.
वदतु महोदय.
मम प्रयत्नं करोमि. अति आवश्यकम् अर्थस्य अर्थः ज्ञातव्यम्. अति आवश्यकं. यदि वयं जानीमः समासस्य अर्थः कः परन्तु ज्ञातुं वयं विग्रहवाक्यं करणीयं. विग्रहवाक्यं करणीयं विना अर्थं कर्तुं न शक्नुमः.
उत्तमम्.
अतः विग्रहवाक्यं कः प्रश्नः उदेति. मम अहम् अगेन् प्रत्यं प्रयत्नं करोमि. विग्रहवाक्यं समास उपरान्तः उच्यते वा अन्य अर्थः अस्ति.
भवान् पृच्छति वा नो चेत् वदति वा महोदय अत्र?
अहं पृच्छामि भवती. विग्रहवाक्यम् इस् वाक्यं, परन्तु वाक्यं निर्माणम् उपरान्तं, समासस्य निर्माणम् उपरान्तं विग्रहवाक्यं कथ्यते वा न?
एकवारं समस्तपदस्य निर्माणस्य अनन्तरं विग्रहवाक्यं वदामः. अत्र तदेव अत्र दत्तमस्ति. एकवारं परिच्छेदं पुनः पठित्वा किञ्चित् अवगन्तुं प्रयत्नं कुर्मः. अत्र प्रथमं वाक्यमस्ति, समासे सर्वदा अर्धस्य प्राधान्यं वर्तते. अर्धस्य प्राधान्यं वर्तते, समासस्य अर्धं बोधयितुं विग्रहवाक्यम् उच्यते. समासस्य अर्धम् अवलम्ब्य एव विग्रहवाक्यं वक्तव्यम्. एतद् वाक्यं बहु विशिष्टं वाक्यं, बहु किं वदामः, प्राधान्यमस्ति अस्य वाक्यस्य, बहु महत्त्वम् अस्ति. समासस्य अर्धम् अवलम्ब्य एव विग्रहवाक्यं वक्तव्यम् इत्युक्ते, एतदर्थम् एकम् उदाहरणं वदामि. गते सप्ताहे वयं गीता प्रवेशः इति पुस्तकात् एकं श्लोकं पठितवन्तः. तस्मिन् श्लोके किं दत्तमस्ति इत्युक्ते, तस्मिन् श्लोके एकं पदमस्ति, लोकनाथः इति एकं पदमस्ति. तत्र लोकनाथः इत्युक्ते राजा अपि भवितुमर्हति, भिक्षुकः अपि भवितुमर्हति. कथं? लोकनाथः इति पदस्य विग्रहवाक्यं लोकस्य नाथः इति वदामश्चेत् तत्र षष्टितत्पुरुषसमासः भवति. लोकस्य नाथः कः? राजा. राजा एव लोकनाथः भवितुमर्हति, अतः तत्र षष्टितत्पुरुषसमासः अपि षष्टितत्पुरुषसमासः भवति. किन्तु लोकनाथः इति पदस्य विषये वयं लोकः एव नाथः यस्य सः इति विग्रहवाक्यं वक्तुम् इच्छामश्चेत् तदा बहुव्रीहिसमासः भवति. लोकः एव नाथः यस्य सः, कस्य नाथः लोकः एव भवति इति तत्र चिन्तनं कुर्मः चेत् भिक्षुकः इत्युक्ते लोक, तस्मिन् सन्दर्भे यदा बहुव्रीहिसमासं कृत्वा वदामश्चेत् तत्र तस्य अर्थः भिक्षुकः भवति. लोकस्य नाथः इति वदामश्चेत् बहुव्रीहि, क्षम्यतां, तत्र षष्टितत्पुरुषसमासः भवति. इत्युक्ते लोकनाथः इति पदस्य अर्थद्वयं वर्तते, इत्युक्ते सर्वदा अर्धं दृष्ट्वा एव विग्रहवाक्यं वक्तव्यं भवति इति सर्वदा स्मर्तव्यम्. अर्थस्य ज्ञानं विना, अर्थज्ञानं विना समासं वक्तुं न शक्यते. सर्वदा प्रसङ्गम् अवलम्ब्य, इत्युक्ते प्रसङ्गम् अवलम्ब्य इत्युक्ते सन्दर्भानुगुणं, तत्र अर्धानुगुणं, तत्र सन्दर्भम् अनुसृत्य एव विग्रहवाक्यं वक्तव्यं भवति इति. इत्युक्ते समस्तपदे यानि यानि पदानि सन्ति तेषां पदानाम् अर्थावगमनं बहु आवश्यकम्. तत्पदं कथं निर्मितं भवति, तस्य अर्थः कः, प्रत्येकं पदस्य अर्थः कः इति सर्वदा ज्ञातव्यं. तस्य अर्थं मनसि निधाय एव विग्रहवाक्यं वक्तव्यं भवति. उत्तमं. तर्हि समासाध्ययने अस्माकं प्रथमं कार्यमस्ति समासस्य अर्थावगमनं, अर्थं ज्ञात्वा समाससूत्राणां साहाय्येन सुलभतया विग्रहवाक्यं कथं भवति, समासः कः इति ज्ञातुं शक्नुमः. इत्युक्ते न केवलम् अर्थावगमनं, अन्यः विषयः अपि अस्ति. समाससूत्राणां साहाय्यमपि अपेक्षितम्. इत्युक्ते एतदर्थम् अष्टाध्याय्यां बहूनि सूत्राणि सन्ति, तेषां सूत्राणाम् आधारेण एव वयं विग्रहवाक्यं वक्तुं शक्नुमः. कथं? सूत्राणां साहाय्येन इति पदं, पदस्य विषये इतोपि किञ्चित् वदामि. अत्र पञ्चमीतत्पुरुषसमासप्रसङ्गे तत्र पञ्चमीभयेन इति एकं सूत्रमस्ति. पञ्चमीभयेन इत्युक्ते किम्? उत्तरपदं भयम् इति पदमस्ति. भयं, भीतिः, भीः एतादृशानि पदानि उत्तरपदम् अस्ति चेत् तदा पञ्चमी तत्पुरुषसमासः भवति इति अवगन्तव्यम्. इत्युक्ते सूत्राणि, सूत्राणाम् आधारेण वयम् अवगन्तुं शक्नुमः. तथा एव द्वितीयतत्पुरुषसमासप्रसङ्गे एकं सूत्रमस्ति, श्रितातीतपतितगत अत्यस्तापन्नैः इति एकं सूत्रमस्ति. तस्मिन् सूत्रे सप्तपदानि वा अष्टपदानि वा सन्ति, तानि पदानि अथवा तेषु पदेषु अन्यतमं पदम् उत्तरपदमस्ति चेत् तदा द्वितीयतत्पुरुषसमासः भवति इति सूत्रं वदति. इत्युक्ते सूत्रे कानिचन पदानि उक्तानि, तान् तेषाम् आधारेण एव समासस्य नाम अपि वक्तुं शक्नुमः, विग्रहवाक्यम् अपि वक्तुं शक्यते. इत्युक्ते अर्थावगमनं सूत्राणां साहाय्यं द्वयमपि आवश्यकम्. उत्तमं, धन्यवादः महोदय.
एकः सन्देहः, लोकस्य नाथः अथवा लोकः एव नाथः किं भेदः?
लोकस्य नाथः इति वदामश्चेत् राजा भवति, लोकस्य नाथः राजा. तत्र षष्ठीतत्पुरुषसमासः भवति, किन्तु लोकः एव नाथः यस्य सः. तत्र यदा वयं बहुव्रीहिसमासप्रसङ्गे वयं पठामः तदा तत्र विग्रहवाक्यं कथं वक्तव्यमिति पूर्णतया वयं परिशीलयामः. यस्य नाथः लोकः सः.
अर्थः
एव न महोदय,
प्रयोगः भिन्नं.
न न, एकवारं चिन्तयतु, लोकस्य नाथः इति एकविधं, लोकः एव नाथः यस्य, यस्य पुरुषस्य नाथः लोकः एव. इत्युक्ते भिक्षुकः किं करोति, सर्वदा याचनां करोति, तस्य कृते लोकः एव नाथः. इत्युक्ते तत्र लोकः एव नाथः यस्य सः इति विग्रहवाक्यं वदामश्चेत् तत्र तस्मिन् सन्दर्भे अर्थः तु भिक्षुकः इति अर्थम् आयाति इति अत्र तावदेव. अनन्तरम् अत्र सूर्यकुमारी भगिनी भवती पठतु अग्रिमम्.
धन्यवादः.
पठति वा नो चेत् पुष्पा भगिनी भवती पठतु. अस्ति वा?
अस्मि.
पठतु.
समासे सर्वदा न
विग्रहवाक्यं नाम किम्?
ओ, विग्रहवाक्यं नाम किम्?
विग्रहवाक्यं नाम किम्? अस्तु भगिनि, वृत्त्यर्थावबोधकः वाक्यं विग्रहः इति उच्यते. वृत्त्यर्थावबोधकः समासे अर्थबोधयितुं यद् वाक्यम् उच्यते, यद् वाक्यं विग्रहः इति व्यवह्रियते, तद् वाक्यं विग्रहः इति व्यवह्रियते. विग्रहः द्विविधाः भवति, द्विविधा विग्रहः, लौकिकविग्रहः, अलौकिकविग्रहः च इति. येन वाक्येन समस्तपदस्य अर्थः अवगम्यते तद् वाक्यं लौकिकविग्रहवाक्यम् इति उच्यते. येन वाक्येन समस्त पदस्य अर्थः अवगम्यते तद् वाक्यं लौकिकविग्रहवाक्यम् इति उच्यते. यथा सीतापतिः इति समासे सीतायाः पतिः इति लौकिकविग्रहवाक्यम् अस्ति. लोके प्रयोक्तुम् अर्हाणां पदानाम् अभावे अलौकिकविग्रहवाक्यम् इति कथयामः. सीतायोगः ञक्स् ञस् योगः पति योगः सु इति अलौकिकविग्रहवाक्यं, यत्र प्रकृतिप्रत्ययविभागः क्रियते तत्र अलौकिकविग्रहः अथवा शास्त्रीयविग्रहः इति कथ्यते। अलौकिकविग्रहवाक्यं समासप्रक्रियायां प्रयुज्यते न तु लोके अलौकिकविग्रहवाक्यस्य अर्थबोधः न जायते। व्याकरणे एव अलौकिकविग्रहवाक्यस्य प्रयोगः क्रियते। अलौकिक विग्रहवाक्ये प्रकृतिप्रत्ययविभागः क्रियते समस्तपदस्य रूपसाधनार्थम्। वृत्त्यर्थावबोधकः तत्तु अर्थं
भगिनि अहं किञ्चित् वदामि वा अहं वदामि
वा किञ्चित् वदामि तत् समये
वदतु प्रत्येकं वाक्यं अत्र प्रत्येकं वाक्यं स्वीकृत्य किञ्चित् वदतु।
वृत्त्यर्थावबोधकः बोधकम् इति वदनेन वृत्ति अर्थ अर्थावबोधकम् अवबोधकं न अर्थ अवबोधकं तत्तु तद् वाक्यं विग्रहः इति उक्तं तत्तु वृत्ति अर्थ अवबोधकं सर्वे अपि सन्ति समासे।
अत्र भगिनी अत्र किञ्चित् स्थगयतु। अत्र प्रथमं वाक्यं वृत्त्यर्थ अवबोधकं वाक्यं विग्रहः इति लिखितमस्ति। अत्र एकं पदमस्ति वृत्त्यर्थावबोधकम् इति पदमस्ति। तत्र वृत्तिः इति एकं पदमस्ति, अर्थ इति अर्थः इति अन्यत् पदम्, अवबोधकम् इति तृतीयं पदमस्ति। वृत्तिः इत्युक्ते किम् इति, वृत्तिः इत्युक्ते का इति अस्माभिः ज्ञातव्यं। वृत्तिः इत्युक्ते अस्माभिः ज्ञातव्यं। तत्र व्याकरणलोके पञ्चवृत्तयः सन्ति, पञ्चवृत्तयः इत्युक्ते तत्र कृत्वृत्तिः, तद्धितवृत्तिः, एकशेषवृत्तिः, समासवृत्तिः, सनाद्यन्तवृत्तिः, एते पञ्चवृत्तयः सन्ति। एतासु वृत्तिषु अर्थबोधनार्थं विग्रहवाक्यं वक्तव्यं भवति। इत्युक्ते एतेषु पञ्चसु वृत्तिषु अर्थावगमनार्थं विग्रहवाक्यं वक्तव्यं भवति। अत्र अहं किम् उक्तवती, कृद्वृत्तिः इत्युक्ते कृदन्तपदनिर्माणम् इति अर्थः। तद्धितवृत्तिः तद्धितान्तपदं, तद्धितप्रत्ययाः सन्ति इत्युक्ते यस्य पदस्य अन्ते तद्धितप्रत्ययः अस्ति तत्पदं तद्धितान्तं पदं, तथा एव एकशेषवृत्तिः। अनन्तरं समासवृत्तिः इत्युक्ते एतेषु पञ्चसु वृत्तिषु अन्यतमः एव समासवृत्तिः, अपि च सनाद्यन्तवृत्तिः। सनाद्यन्तवृत्तिः इत्युक्ते सन् प्रत्ययान्तरूपाणि वयं जानीमः। तत्र इच्छार्थे सन् प्रत्ययः अस्ति इत्युक्ते जुगु चिकीर्षा, बुभुक्षा,
त्रिपठिषा,
जिगमिषति इति क्रियापदमस्ति, तस्मात् एव आगतम् इत्युक्ते सन् प्रत्ययान्तरूपं। तदनन्तरं तत्र तिङन्तपदमपि भवति जिगमिषति इति रूपं। पिपासा पाधातोः रूपम्, अपि च सन् प्रत्ययस्य योजनेन पिपासा इति पदम् आयाति इत्युक्ते स्तनाद्यन्तवृत्तिः। एतावता तत्र पञ्चवृत्तयः सन्ति, तेषु अन्यतमः एव समासवृत्तिः। एतेषु पञ्चसु वृत्तिषु अर्थबोधनार्थं विग्रहवाक्यं वक्तव्यं भवति, तदेव अत्र लिखितमस्ति वृत्त्यर्थावबोधकं वाक्यं विग्रहः इत्युक्ते तत्। भगिनी वदतु।
अग्रे वदामि
भगिनि,
अपि च वदतु महोदय।
अत्र
अत्र तिङन्तापि च सुबन्तानां वृत्तिः न भवति. किमर्थं डिरैव्ड् इति इत्यर्थे एव एतेषां वृत्तिः इति कथ्यते वा कथ्यन्ते वा अथवा
प्रकृति
किमर्थं तिङन्तवृत्तिः न भवति अथवा सुबन्तवृत्तिः न भवति परन्तु एतेषामेव वृत्तिः भवति इत्युक्ते ते तेषाम् उत्पत्तिः तुयन्तान् अथवा सुबन्तान् सुबन्तात् एव भवति अतः एव वृत्तिः भवति वा किमर्थं तिङन्तवृत्तिः न भवति सुबन्तवृत्तिः न भवति तदेव कारणं
समासः नास्ति न समासः नास्ति न भवति.
अत्र महोदयः किं पृष्टवान् इत्युक्ते किमर्थं तिङन्तवृत्तिः इति न उक्तमस्ति इति प्रश्नः सम तत्र तस्य उत्तरम् अहं न जानामि महोदय.
चिन्तयामि एतत् एतानि यत् कृतवृत्तिः अस्ति कृद धातून् धातूनयोगेन भवति धातूनां योगे अथवा तद्धितवृत्तिः नामपदेन अथवा सन्न सन्नादि धातुतः योजयित्वा नूतन डिरैव्ड् वर्ड्स् अस्ति डिरैव्ड् पदानि सन्ति अतः एव वृत्तिः इति भवति भवितुमर्हति. अहं न जानामि पृष्टवान् केवलम्.
अस्तु कोऽपि कोऽपि जानाति चेत् वदन्तु वयं सर्वे.
सनादिप्रत्ययः न्यू धातुः भवन्ति
तदेव समासापि समासापि सुबन्तानाम् एव भवति अतः अतः
इत्युक्ते
धातुः अथवा सुबन्तं योगः सनादिप्रत्ययः नूतनधातुः भवति.
इत्युक्ते आहत्य वदतु महोदय.
डिरैव्ड् रूट्स् नो सनाद्यन्ताः
इत्युक्ते आरम्भे धातुतः सन् प्रत्ययस्य योजनेन तत्र सनन्तरूपम् आयाति सनन्तरूपं तदनन्तरं यथा भगिनी उक्तवती जिगमिषति इति तिङन्तरूपम् अस्ति इत्युक्ते तदनन्तरं तिङ्प्रत्ययस्य योजनेन तिङन्तपदं निर्माणं भवति. आहत्य अत्र तस्य उत्तरम् अहं न जानामि महोदय तदर्थम् अत्र कृद्वृत्तिः इति वदामश्चेत् कृद्वृत्तेः अवगमनार्थम् एकम् उदाहरणं वदामि. कृद्वृत्तिः इत्युक्ते भवन्तः जानन्ति एव कृत्वृत्तिः इत्युक्ते ये जनाः न जानन्ति तेषां कृते वदामि. कृत्वृत्तिः इत्युक्ते एकं पदं पाचकः इति एकं पदमस्ति. पाचकः इति पदं कृदन्तपदं तत्र पच् इति एकः धातुः अस्ति. पच् धातुतः कृत्प्रत्ययस्य योजनेन कृत्प्रत्ययः कः तत्र नुवल् इति एकः प्रत्ययः अस्ति. नुवल् प्रत्ययस्य योजनेन तत्र पच् धातुतः पाचकः इति पदं निर्मितं भवति. तत्र अर्धावगमनार्थं तस्य कृदन्तपदस्य अर्थं किं वदामः यः पाकं करोति सः पाचकः इति वक्तव्यं भवति. इत्युक्ते पाचकः इत्युक्ते यः पाकं करोति सः पाचकः. आहत्य अर्धावगमनार्थं विग्रहवाक्यम् उच्यते एतासु पञ्चसु वृत्तिषु इति. समासे अर्धं बोधयितुं यद्वाक्यमुच्यते तद्वाक्यं विग्रहः इति व्यवह्रियते. पुष्पा भगिनी अग्रे वदतु.
अस्तु भगिनि. अस्तु अत्र समासे अर्थं बोधितुं यद् वाक्यम् उच्यते तद् वाक्यं विग्रहः इति व्यवह्रियते. तत्तु समासे अर्थं किम् इति वदनेन विग्रहवाक्यं वदनं यत् वाक्यं विग्रहवाक्यं उक्तं तदेव विग्रहः इति व्यवह्रियते इति वदनेन व्यवहारं क्रियते इति. विग्रहः द्विविधा भवन्ति भवति द्विविधा तत्तु स्त्रीलिङ्ग लौकिकविग्रहः अलौकिकविग्रहः इति अस्ति.
अत्र भगिनी अत्र एकं वदामि. अत्र विग्रहः द्विविधः इति अपि वक्तुं शक्यते अथवा द्विविधा अपि वक्तुं शक्यते. अत्र यथा वयं बहुधा इति वदामः तथा एव अत्र द्विविधा इति लिखितमस्ति. अत्र किञ्चित् वदामि, समयाभावात् किञ्चित् शीघ्रं वदामः. लौकिकविग्रहः अलौकिकविग्रहः इति विग्रहवाक्यद्वयमस्ति. अस्माभिः अवगन्तव्यं लौकिकः लौकिकविग्रहः अलौकिकविग्रहः इत्युक्ते किम्. लौकिकविग्रहवाक्यम् इत्युक्ते केवलं अस्माकं परिचितं पदमेव सीतापतिः इति पदं समस्तपदं स्वीकृत्य लौकिकविग्रहवाक्यं वक्तुमिच्छामश्चेत् सीतायाः पतिः इति लौकिकविग्रहवाक्यं भवति. किन्तु अलौकिकविग्रहवाक्यम् इति एकम् अस्ति. तत् किम् इति ज्ञातव्यं. तत् किम् इत्युक्ते शास्त्रीयरीत्या रूपसाधनार्थं वयं प्रक्रियायां किं कुर्मः, तत् सर्वम् अलौकिकविग्रहवाक्यं भवति. अत्र पश्यतु, येन वाक्येन समस्तपदस्य अर्थः अवगम्यते तद्वाक्यं लौकिकविग्रहवाक्यम् इति उच्यते. अत्रापि सीतायाः पतिः इति लौकिकविग्रहवाक्यम् इत्युक्ते लोके प्रयोक्तुम् अर्हाणां पदानाम् अभावे अलौकिकविग्रहवाक्यम् इति कथयामः. इत्युक्ते यदा वयम् अलौकिकविग्रहवाक्यं वदामः तदा ते अलौकिकविग्रहवाक्यस्य कथनेन लोके वयं किमपि अवगन्तुं न शक्नुमः. अत्र अलौकिकविग्रहवाक्यं दत्तमस्ति. कथं? सीतायोगः न योगः पतियोगः सु. सीतायोगः न पतियोगः सु इत्युक्ते सीता इति पदस्य अनन्तरं षष्टिविभक्ति एकवचन सुप्रत्ययः अस्ति. पतिः पति इति प्रातिपदिकं स्वीकृत्य प्रथमाविभक्ति एकवचनप्रत्ययः सुप्रत्ययं योजयामः, तेन अलौकिकवाक्य विग्रहवाक्यं सिद्ध्यति. इत्युक्ते सीतायोगः न पतियोगः सु इति वदामश्चेत् कोऽपि अवगन्तुं न शक्नुवन्ति केऽपि. अत्र तदर्थम् अलौकिकविग्रहवाक्यस्य कथनेन वयं किमपि अवगन्तुं न शक्नुमः. तदर्थमेव लौकिकविग्रहवाक्यस्य आवश्यकता अस्ति. अपि च यत्र प्रकृतिप्रत्ययविभागः क्रियते तत्र अलौकिकविग्रहः अथवा शास्त्रीयविग्रहवाक्यम् इति कथ्यते. अलौकिकविग्रहवाक्यम् एव शास्त्रीयविग्रहवाक्यम्. अलौकिकविग्रहवाक्यं समासप्रक्रियायां प्रयुज्यते न तु लोके. इत्युक्ते यदा वयं समस्तपदनिर्माणं कुर्मः तस्मिन् तस्यां प्रक्रियायाम् एतत् सर्वं भवति. समासप्रक्रियायाम् अलौकिकविग्रहवाक्यं दृश्यते. लोके अलौकिकविग्रहवाक्यस्य अर्थबोधः न जायते. अत्र इत्युक्ते सीतायोगः न पतियोगः तादृशरीत्या वदामश्चेत् तादृशरीत्या विग्रहवाक्यं कथनेन वाक्यस्य कथनेन अर्थबोधः न भवति. व्याकरणे एव अलौकिक वदतु महोदय.
सुप्रत्ययं वा तिङ्प्रत्ययं वा योजनकाले अलौकिकं विभक्तिरूपम् अस्ति चेत् लौकिकं वा?
न न न
तत्र रूप वदतु भगिनि.
अत्र अस्ति चेत् अत्र इस् तु प्रत्ययः सप्तमी प्रत्ययः
उक्त्वा अवलौकिकं प्रत्यय विना उक्तं चेत्
प्रत्ययः अस्ति याः याः प्रत्ययः अस्ति प्रत्ययस्य उपयुक्त्वा सीतायाः इति वदति न सीतायाः
पत्नी. अत्र अग्रे गन्तव्यम्, अतः वदामि. अत्र नस् इति षष्टिविभक्ति एकवचनप्रत्ययः. वयं सर्वे जानीमः एकविंशति सुप्रत्ययाः सन्ति, तेषु अन्यतमः एव नस् प्रत्ययः. अत्र स्त्रीलिङ्गे षष्टिविभक्त्यां एकवचने नस् प्रत्ययः आयाति, अपि च सु इति प्रथमाविभक्ति एकवचनप्रत्ययः. इत्युक्ते समस्तपदनिर्माणप्रक्रियायाम् एतत् सर्वं भवति, किन्तु लोके तादृशरीत्या वदामश्चेत् किमपि अर्थबोधः न जायते. व्याकरणे एव अलौकिकविग्रहवाक्यस्य प्रयोगः क्रियते, न तु लोके. अत्र स्पष्टतया उक्तमस्ति, व्याकरणलोके एव अलौकिकविग्रहवाक्यस्य प्रयोगः भवति. अलौकिकविग्रहवाक्ये प्रकृतिप्रत्ययविभागः क्रियते समस्तपदस्य रूपसाधनार्थम्. अत्र इत्युक्ते रूपसाधनार्थम् अत्र सीता इति पदस्य प्रातिपदिकं सीता एव, अपि च षष्टिविभक्तिप्रत्ययं योजयामः. अनन्तरं पतिः, पतिः इति पदस्य प्रातिपदिकं पति, तदनन्तरं सुप्रत्ययं योजयामः, तेन सीतापति इति प्रातिपदिकं सिद्ध्यति. तदनन्तरं पुनः सुप्रत्ययस्य योजनेन एतत् सर्वं प्रक्रियायां भवति. अत्र एव स्पष्टतया दत्तमस्ति प्रकृतिप्रत्ययविभागः. अत्र प्रकृतिः का? सीता इति प्रकृतिः. प्रकृतिः इत्युक्ते अत्र प्रातिपदिकं वा भवतु अथवा धातुः वा भवतु, प्रकृतिः इति वदामः. तिङन्तरूपनिर्माणसमये धातुः प्रकृतिः भवति, सुबन्तपदनिर्माणसमये प्रातिपदिकं प्रकृतिः भवति. प्रकृतिः इत्युक्ते प्रातिपदिकम् अथवा धातुः, धातुः इत्युक्ते धातोः अनन्तरं प्रत्ययं योजयामः अथवा प्रातिपदिकात् अनन्तरं प्रत्ययं योजयामः. तादृशविभागः क्रियते किमर्थं? रूपसाधनार्थम्. उत्तमं, धन्यवादः. अनन्तरम् अत्र बालसुब्रह्मण्यमहोदय, भवान् पठति वा अग्रिमपरिच्छेदं?
श्रूयते वा महोदय?
वदतु महोदय.
पठामि. विग्रहः स्वपदविग्रहः अस्वपदविग्रहः इति द्वेधा विभज्यते. स्वपदविग्रहः नाम समासस्य अर्थः समासघटकैः पदैः वर्ण्यते, तदा स्वपदविग्रहः इति उच्यते. समासघटकपदसहितं वाक्यं स्वपदविग्रहः इति अर्थः. यथा ग्रामगतः इति समासः, ग्रामं गतः इति स्वपदविग्रहः. अस्वपदविग्रहः नाम समासस्य अर्थः समासघटकानि पदानि विहाय अन्यपदैः यदा वर्ण्यते तदा अस्वपदविग्रहः इति उच्यते. समासघटकपदरहितं वाक्यम् अस्वपदविग्रहः इति उच्यते. यथा उपकृष्णम् इति अव्ययीभावसमासः, कृष्णस्य समीपम् इति अस्वपदविग्रहः. अत्र समीपम् इति पदं समासघटकं पदं नास्ति. एतादृशविग्रहः अस्वपदविग्रहः इति उच्यते. अत्र सर्वमेव विग्रहं स्वपदविग्रहः अस्वपदविग्रहः इति द्विविधं स्तः द्विविधम् अस्ति. स्वपदविग्रहः नाम समासस्य अर्थः समास घटक समासे उपयुज्य पदम् उपयुज्य वर्ण्यते चेत् स्वपदविग्रहः इति उच्यते. उदाहरणरूपेण ग्रामगतः इति समासः, ग्रामं गतः इति स्वपदविग्रहः. यतोहि ग्रामगतः द्वयोः पदाः अत्रैव अस्ति इति कारणम्. अश्वपदविग्रहः इति चेत् समासस्य अर्थः समासघटकानि पदानि विहाय तानि पदानि न उपयुज्य अन्यपदैः उपयुज्य वर्ण्यते चेत् अश्वपदविग्रहः इति उपयुज्यते. उदाहरणं दत्तम् अस्ति, उपकृष्णम् इति समस्तपदम् अव्ययीभावसमासः कृष्णस्य समीपम् इति अस्वपदविग्रहः उपकृष्णमिति समस्तपदे समीपम् इति वार्ता न आयाति तस्मात् कृष्णस्य समीपम् इति उच्यते चेत् तत् अस्वपदविग्रहः एवमेव भेदः तयोः मध्ये अत्र समीपम् इति पदं समासघटकं पदं नास्ति एतादृश विग्रहः अस्वपदविग्रहः इति उच्यते एवमेव
उत्तमं महोदय इत्युक्ते पूर्वं वयं लौकिकविग्रहवाक्यम् अलौकिकविग्रहवाक्यं तयोः मध्ये भेदः कः इति ज्ञातवन्तः अलौकिकविग्रहवाक्यम् इत्युक्ते शास्त्रीयविग्रहवाक्यम् इति वक्तव्यं भवति अत्र अस्मिन् परिच्छेदे पदद्वयं दत्तमस्ति स्वपदविग्रहः अस्वपदविग्रहः यथा महोदयः उक्तवान् अत्र उदाहरणं स्वीकृतं ग्रामगतः इति पदमस्ति समस्तपदं तत्र द्वितीयतत्पुरुषसमासः भवति किमर्थम् इत्युक्ते तत्र गत इति पदम् उत्तरपदमस्ति इति कृत्वा तत्र सूत्रमस्ति तदर्थं गत इति पदम् उत्तरपदमस्ति चेत् तत्र द्वितीयतत्पुरुषसमासः भवति इति अर्थः किन्तु अस्माकं विषयः कः इत्युक्ते समासघटकैः पदैः विना अन्यैः पदैः विग्रहवाक्यम् उच्यते चेत् तदा अस्वपदविग्रहः इति वदामः इत्युक्ते समस्तपदे यानि यानि पदानि सन्ति तेषाम् उपयोगं कृत्वा एव विग्रहवाक्यं वदामश्चेत् तदा स्वपदविग्रहः भवति तदा तस्य कृते ग्रामं गतः तत्र ग्रामं तत्र द्वितीयाविभक्त्यन्तरूपम् अस्ति पूर्वपदस्य विभक्तेः लोपं कृत्वा ग्रामगतः इति समस्तपदं बाधितं तत्र किन्तु अस्वपदविग्रहवाक्यस्य कृते अन्यत् उदाहरणम् उपकृष्णम् उपकृष्णम् इत्यस्मिन् पदे अव्ययीभावसमासः अस्ति तत्र तस्मिन् समस्तपदे कानि कानि पदद्वयं किम् उप कृष्ण किन्तु विग्रहवाक्यं वक्तुमिच्छामश्चेत् किं वदामः कृष्णस्य समीपं गोपाः उपकृष्णं तिष्ठन्ति इत्यस्मिन् वाक्ये गोपाः कृष्णस्य समीपे तिष्ठन्ति इति अर्थः किन्तु एतत् समीपम् इति पदं कुतः आगतम् इत्युक्ते तत्र उप इति पदम् अव्ययपदमस्ति तस्य अर्थः तु समीपं समीपार्थे उप इति पदम् प्रयुक्तमस्ति तत्र अतः तत्र उपकृष्णम् इत्यस्मिन् पदे विग्रहवाक्यम् अस्वपदविग्रहवाक्यमस्ति इत्युक्ते समासघटकैः पदैः विना विग्रहवाक्यं लिखितं तदर्थमेव तत्र अस्वपदविग्रहः अस्ति इति वक्तुं शक्यते अत्र समीपम् इति पदं समासघटकं पदं नास्ति एतादृशविग्रहवाक्यमेव अस्वपदविग्रहवाक्यम् उत्तमम् अग्रिमपरिच्छेदम् अत्र मालिनी भगिनी भवती पठतु
आं भगिनि एतेषु समासः अस्ति वा सन्धिः अस्ति वा इति वक्तव्यं मनोरथः
भगिनि अत्र अयं परिच्छेदः तु भिन्नः इत्युक्ते अत्र भगिनी कक्षायां न कृतवती तदर्थं एतं परिच्छेदं त्यक्त्वा अग्रे किं दत्तमस्ति पठतु एकवारं सम्प्रति आरभ्य
सम्प्रति अष्टाध्याय्यां समाससम्बद्धसूत्राणां विवरणं दीयते समाससम्बद्धसूत्राणि समाससम्बद्धसूत्राणि अष्टाध्याय्यां द्वितीयाध्याये समासविधायकसूत्राणि सन्ति
अत्र भगिनी किञ्चित् वदामि अत्र सूत्राणां सम्बद्धः विषयः एव किञ्चित् वदामि पाणिनेः अष्टाध्याय्यां सूत्राणि षड्विधानि षट् प्रकारकाणि सूत्राणि सन्ति तत्र एकः श्लोकः अपि अस्ति संज्ञा च परिभाषा च विधिर्नियमयेव च अतिदेशोऽधिकारस्य षड्विधं सूत्रलक्षणम् इति षट् प्रकारकाणि सूत्राणि सन्ति. अत्र संज्ञासूत्रं, परिभाषासूत्रं, विधिसूत्रं, नियमसूत्रम्, अतिदेशसूत्रम्, अधिकारसूत्रम् इति षड्विधानि सूत्राणि. संज्ञासूत्रमित्युक्ते अनेन सूत्रेण नामकरणं क्रियते. तत्र तदर्थम् एकं सूत्रं वयं पूर्वं चर्चितवन्तः, सुप्तिङन्तं पदम् इति एकं सूत्रमस्ति. तत् सूत्रं संज्ञासूत्रम्, अपि च परिभाषासूत्रम् इति एकः अस्ति. यत्र यत्र नियमः नास्ति तस्मिन् स्थले परिभाषासूत्रं तत्र आगत्य तत्र नियमनं करोति अथवा कार्यं नियमयति, तदेव परिभाषासूत्रम्. अपि च विधिसूत्रम् इति तृतीयमस्ति. विधिसूत्रमित्युक्ते येन सूत्रेण कार्यं विधीयते तदेव विधिसूत्रम्. विधिसूत्रस्य उदाहरणमस्ति इकोयणचि. इकोयणचि इति विधिसूत्रं. परिभाषासूत्रस्य कृते तत्र एकं सूत्रमस्ति स्थानेन्तरतमः इति सूत्रमस्ति. तत् परिभाषासूत्रमस्ति. अनन्तरं नियमसूत्रम्, अपि च अतिदेशसूत्रम्. अन्तिमं प्रकारकसूत्रमस्ति अधिकारसूत्रम्. अधिकारसूत्रम् इत्युक्ते तस्य सूत्रस्य प्रसक्तिः बहुषु सूत्रेषु दृश्यते. अधिकारसूत्रस्य अनुवृत्तिः बहुषु सूत्रेषु वर्तते इति अर्थः. वयं पूर्वमपि दृष्टवन्तः संहितायाम् इति एकं सूत्रमस्ति. तत् सूत्रम् अधिकारसूत्रम्. अत्र भगिनी पठतु अधुना.
समासवचननिर्णयसम्बन्धसूत्राणि. अत्र समासस्य वचनस्य निर्णयः क्रियते. द्वितीयाध्यायस्य तृतीयपादे कारकसम्बद्धसूत्राणि सन्ति. एतस्मिन् विषये कारकप्रकरणे पठिष्यामः. समास
अत्र इतोपि किञ्चित् अस्माभिः किञ्चित् द्रष्टव्यम् इत्युक्ते, यदि भवत्याः पार्श्वे भवतां पार्श्वे अष्टाध्यायी पुस्तकम् अस्ति चेत् सर्वे तत् पुस्तकं पश्यन्तु. पुस्तकस्य नाम अस्ति अष्टाध्यायी सूत्रपाठः. यदि वयं पुस्तकं पश्यामश्चेत् एतानि सूत्राणि कुत्र सन्ति अष्टाध्याय्यां, कस्मिन् पुटे सन्ति इति वयम् अवगन्तुं शक्नुमः. येषां पार्श्वे एतत् पुस्तकमस्ति ते पठन्ति चेत् इतोपि सम्यक् भवति. भवत्याः पार्श्वे पुस्तकमस्ति वा?
अस्ति भगिनि. द्वितीयपादे प्रथमसूत्रम्.
अत्र पुस्तकं सर्वे पुस्तकम् एकवारं पश्यन्तु. पुस्तकस्य नाम अष्टाध्यायी सूत्रपाठः. तत्र षट्चत्वारिंशत्तमे पुटे, षट्चत्वारिंशत्तमे पुटे वयं पश्यामश्चेत् तत्र द्वितीयाध्यायस्य प्रथमपादः इति लिखितमस्ति. दृष्टवती वा भगिनि?
भगिनि.
तत्र किं लिखितमस्ति पठतु एकवारं. प्रथमं सूत्रं, द्वितीयसूत्रं,
प्रकरणं. प्रथमसूत्रं समर्थः पदविधिः.
द्वितीयं,
सुभामन्त्रिते पराङ्गवत् स्वरे.
तृतीयं,
प्राक् कडारात् समासः. चतुर्थं, सः सुपा.
इत्युक्ते एतानि चत्वारि सूत्राणि अधिकारसूत्राणि इति वदामः. यदि वयं अत्र विवरणं पठामश्चेत् इदम् अधिकारसूत्रम् इति लिखितमस्ति. समासाधिकारसूत्राणि एतानि सर्वाणि अपि समाससम्बद्धसूत्राणि. अत्र एतानि चत्वारि सूत्राणि. तदनन्तरं किं लिखितमस्ति? अव्ययीभावः इति लिखितमस्ति. इत्युक्ते तस्मात् आरभ्य अव्ययीभावसमासस्य कृते सूत्राणि दत्तानि. अत्र सूत्रं पश्यामश्चेत् अव्ययं विभक्तिसमीपसमृद्धि व्युद्धि अर्थाभाव अत्ययसम्प्रति शब्दप्रादुर्भाव पश्चात् आनुपूर्व्य पश्चाद् यथा आनुपूर्व्य योगपद्य सादृश्य सम्प्रति साकल्यान्तवचनेषु इति लिखितमस्ति. किन्तु वयं यदा अव्ययीभावसमासप्रसङ्गे पठितवन्तः तदा विभक्तिः विभक्ति अर्थे अव्ययीभावसमासप्रसङ्गे विभक्त्यर्थे अधि इति पदं योजितमस्ति. उदाहरणम् अधिहरि इति पदं स्वीकृत्य वयम् अव्ययीभावसमासप्रसङ्गे पठितवन्तः. तदनन्तरम् अत्र समीपार्धे यथा उपकृष्णम् इति वदामश्चेत् समीपार्धे उप इति पदं योजयित्वा तत्र अव्ययीभावसमासं कुर्मः. अत्र इदं सूत्रं तदेव वदति. इत्युक्ते आहत्य अत्र प्रथम द्वितीयाध्यायस्य प्रथमपादात् आरभ्य कुत्र पर्यन्तम् इत्युक्ते
38 अष्टम त्रिंशत्
अष्टात्रिंशत् श्लोकपर्यन्तं श्लोकपर्यन्तं समाससम्बद्धसूत्राणि सन्ति. अष्टात्रिंशत् सूत्रं किम्
कडाराः कर्मधारये
इत्युक्ते तावत्पर्यन्तम् अत्र समाससम्बद्धसूत्राणि दत्तानि. प्रथमाध्यायस्य द्वितीयाध्यायस्य प्रथमपादम् आपादपर्यन्तं समाससम्बद्धसूत्राणि सन्ति. अपि च अत्र यथा भवती पठितवती प्रथमचत्वारि सूत्राणि अधिकारसूत्राणि, अधिकारसूत्रचतुष्टयम् अस्ति अत्र. तदनन्तरम् इत्युक्ते विधायकसूत्राणि इत्युक्ते एतेषां सूत्राणाम् आधारेण तत्र कार्यं भवति. तदेव विधिसूत्रम् इति वदामः. द्वितीयं किं समासवचननिर्णयसम्बद्धसूत्राणि. अत्र समासस्य वचननिर्णयः क्रियते इत्युक्ते अत्र संख्या दीयते. अत्र द्वितीयाध्यायस्य द्वितीयपादस्य प्रथमसूत्रात् आरभ्य द्वितीयाध्यायस्य द्वितीयपादस्य षोडशसूत्रपर्यन्तं यानि यानि सूत्राणि सन्ति तेषाम् आधारेण समासनिर्माणावसरे वचननिर्णयं कथं कुर्मः तत् अवगन्तुं शक्नुमः. द्वितीयाध्यायस्य तृतीयपादे कारकसम्बद्धसूत्राणि. पश्यतु भगिनि अत्र कारकसम्बद्धसूत्राणि इत्युक्ते पश्यतु द्वितीय वदतु
कारक सम्बद्धसूत्राणि द्वितीयाध्यायस्य तृतीयपादे कारकसम्बद्धसूत्राणि सन्ति. कारक इत्येन
इत्युक्ते अत्र
कः पुटः कः पुटः भगिनि कः पुटः
अत्र अष्टचत्वारिंशत्तमे अष्टचत्वारिंशत्तमे पुटे एकं सूत्रमस्ति अनभिहिते. अनन्तरं कर्मणि द्वितीया द्वितीयाविभक्ति कर्मणि द्वितीया इति एकं सूत्रमस्ति. अनन्तरं चतुर्थी सम्प्रदाने इति एकं सूत्रमस्ति. कर्तृकरणयोः तृतीया इति एकं सूत्रमस्ति. एतानि कारकसम्बद्धसूत्राणि एतानि कारकसम्बद्धसूत्राणि. अत्र इतोपि समासलिङ्गनिर् कारकप्रकरणम् इति वदामः. समासलिङ्गनिर्णयसम्बद्धसूत्राणि. अत्र समासस्य लिङ्गस्य निर्णयः क्रियते इति दत्तमस्ति. इत्युक्ते एतावत् अत्र सङ्ख्या दीयते. अग्रिमं वदतु भगिनि उत्तरपदाधिकारः.
उत्तरपदाधिकारः षष्टम अध्याये तृतीयपादे प्रथमश्लोकम् आरम्भः 108 पर्यन्तम् अयम् उत्तरपदाधिकारः अस्ति. अत्र द्वितीय प्रथमा सूत्रम् इत्यस्मात् सूत्रात् आरभ्य चतुर्दश इति सूत्रपर्यन्तं पूर्वपदस्य विभक्तेः अलुक् भवति. ओके, सो उत्तरपदे इति अधिकारे सुब् अलुक् इति एकं कार्यम् अस्ति. अस्मिन् अधिकारे उत्तरपदे परे कुत्र पूर्वपदस्य सुब् लुक् न भवति, कुत्र पूर्वपदे अन्यत् किमपि कार्यं भवति इति उच्यते. समासे कानिचन पदानि उत्तरपदे सन्ति चेत् कुत्रचित् पूर्वपदस्य विभक्तेः अलुक् भवति, कुत्रचित् पूर्वपदस्य परिवर्तनं भवति. एते विषयाः अस्मिन् अधिकारे उच्यन्ते. यत्र पूर्वपदस्य विभक्तेः अलुक् भवति तत् अलुक् प्रकरणम् इति नाम्ना ज्ञायते. अस्मिन् अधिकारे यानि सूत्राणि सन्ति तेषां ज्ञानम् आवश्यकं समासस्य अध्ययनार्थं. वयं केषाञ्चन सूत्राणाम् अध्ययनं कुर्मः प्रक्रियाकाले.
किञ्चित् वदतु.
प्रयत्नं करोमि भगिनि. उत्तरपदं पूर्वपदं द्विपदयोः कुत्रचित् उत्तरपदे सुप् अलुक् भवति. अलुक् इत्युक्ते
विभक्तेः लोपः. साधारणतया विभक्तेः लोपः भवति चेत् लुक् इति वदामः. अलुक् इति तत्र नैतत्पुरुषसमासः भवति. इत्युक्ते साधारणतया पूर्वपदस्य विभक्तेः लोपः भवति. किन्तु अत्र अस्मिन् प्रकरणे किं भवति इत्युक्ते पूर्वपदस्य विभक्तेः अलुक् भवति, इत्युक्ते लोपः न भवति. न भवति. अत्र यदि भवती पुस्तकं पश्यति चेत्, अष्टाध्यायी पुस्तकं पश्यति चेत्, उत्तरपदाधिकारः इत्यस्य कृते अत्र पेज् 110 पश्यतु. इत्युक्ते दशाधिक एकशतं पुटं पश्यतु. तत्र उत्तरपदे षष्टाध्यायस्य तृतीयपादः उत्तरपदे इत्यधिकारः इति दत्तमस्ति. तत्र प्रथमं सूत्रमस्ति अलुगुत्तरपदे इति लिखितमस्ति. इत्युक्ते उत्तरपदे उत्तरपदं विशिष्टं पदमस्ति चेत् तदा पूर्वपदस्य विभक्तेः लोपः न भवति, अलुक् भवति इति एतत् सूत्रं वदति. अलुगुत्तरपदे इति प्रथमं सूत्रं. तदनन्तरम् उत्तरपदे यदि पश्यति चेत् उत्तरपदे लुक् प्रकरणम् इति दत्तमस्ति. तदनन्तरम् उत्तरपदे आनङ् उत्तरपदे पुंवद्भावः उत्तरपदे ह्रस्वत्वम् उत्तरपद आत्वम् उत्तरपदे मुगागमः क्षम्यतां मुमागमः उत्तरपदे नयादेशः उत्तरपदे सहस्यादेशः उत्तरपदे समानस्यादेशः. इत्युक्ते एतावता अत्र उत्तरपदं कीदृशं पदम् अस्ति इति द्रष्टव्यम्. उत्तरपदस्य आधारेण पूर्वपदे कानि कार्याणि भवन्ति इति एतत् सर्वम्. इत्युक्ते एतत् अत्र अधिकारसूत्रमस्ति उत्तरपदाधिकारः. इत्युक्ते अनेन अत्र किं दत्तमस्ति सूत्र अत्र षष्टाध्यायस्य तृतीयपादस्य प्रथमसूत्रात् आरभ्य षष्टाध्यायस्य तृतीयपादस्य अष्टाधिक एकशतं सूत्रपर्यन्तम् उत्तरपदाधिकारः अस्ति. अनन्तरं षष्टाध्यायस्य तृतीयपादस्य प्रथमसूत्रात् आरभ्य षष्टाध्यायस्य तृतीयपादस्य चतुर्विंशतिसूत्रपर्यन्तं पूर्वपदस्य विभक्तेः अलुक् भवति. इत्युक्ते अलुक् प्रकरणम् उत्तरपदे इति अधिकारे इत्युक्ते यत्र यत्र उत्तरपदाधिकारः अस्ति तस्मिन् अधिकारसूत्रस्य सीमा अस्ति तावत्पर्यन्तं तस्मिन् अधिकारे सुप् अलुक् भवति इत्युक्ते तत्र बहूनि कार्याणि भवन्ति अत्र पूर्वपदस्य विभक्तेः लोपः न भवति इत्युक्ते अलुक् भवति इति एकं कार्यम् अपि च उत्तरपदं किञ्चित् विशिष्टं पदमस्ति चेत् तत्र पूर्वस्मिन् पदे पुंवद्भावं कुर्मः वयं दृष्टवन्तः यदा वयं उत्तमबालिका इति वदामश्चेत् तत्र विग्रहवाक्यम् उत्तमा बालिका इति वक्तव्यं भवति किन्तु समस्तपदं किं भवति उत्तमबालिका इति भवति तत्र पुंवद्भावं कुर्मः इत्युक्ते यत्र यत्र भाषितपुंस्कः शब्दः अस्ति यत्र तत्र पुंवद्भावं कृत्वा वक्तव्यं भवति इत्युक्ते एतादृशानि कार्याणि उत्तरपदाधिकारे एतादृशानि कार्याणि भवन्ति अपि च उत्तरपदे कुत्र ह्रस्वत्वं भवति अपि च आङ् आदेशः भवति कुत्रचित् एतादृशानि कार्याणि सर्वाणि उत्तरपदाधिकारे सन्ति इति दत्तमस्ति अपि च अत्र समासे कानिचन पदानि उत्तरपदे सन्ति चेत् कुत्रचित् पूर्वपदस्य विभक्तेः अलुक् भवति इति एकं कार्यं कुत्रचित् पूर्वपदस्य परिवर्तनं भवति अन्यत् कार्यम् एते विषयाः अस्मिन् अधिकारे सन्ति यत्र पूर्वपदस्य विभक्तेः अलुक् भवति तदा अलुक् प्रकरणम् इति नाम्ना ज्ञायते यत्र यत्र पूर्वपदस्य विभक्तेः अलुक् भवति तदेव अलुक् प्रकरणं यथा वयं जानीमः प्रकरणम् इत्युक्ते तत्र समानानि कार्याणि एकस्मिन् स्थले भवन्ति चेत् समानप्रकारककार्याणि यत्र भवन्ति तदेव प्रकरणम् अष्टाध्याय्यां प्रकरणम् इति वदामः अस्मिन् अधिकारे यानि सूत्राणि सन्ति तेषां ज्ञानम् आवश्यकं समासस्य अध्ययनार्थम् अपि च अत्र युधिष्ठिरः इति पदमस्ति भवती वदतु अत्र युधिष्ठिरः इति पदं स्वीकृत्य उदाहरणं स्वीकृत्य दत्तमस्ति पठित्वा वदतु भगिनि
यथा युधिष्ठिरः इति समस्तपदे पूर्वपदस्य विभक्तेः अलुक् अभवत् अस्मिन् अधिकारे उत्तरपदे परे पूर्वपदस्य किं परिवर्तनं भवति इति उच्यते किञ्चित् उत्तरपदम् अस्ति चेत् पूर्वपदे कानिचन कार्याणि भवितुम् अर्हन्ति यथा अलुक् ह्रस्वत्वं दीर्घत्वम् इत्यादीनि कार्याणि अस्मिन् अधिकारे पठ्यन्ते अत्र युधिष्ठिरः इति पदे अहम् अत्र किम् उत्तरपदं किं पूर्वपदम् इति
अत्र अत्र किं दत्तमस्ति इत्युक्ते पूर्वस्मिन् परिच्छेदे किं लिखितम् अलुक् प्रकरणम् इति एकं प्रकरणमस्ति अष्टाध्याय्याम् इति उक्तमस्ति किन्तु अलुक् इत्युक्ते किम् अलुक् समासः इत्युक्ते किम् अलुक् इत्युक्ते तस्मिन् कार्ये किं भवति तस्य अवगमनार्थमेव इदं पदं समस्तपदं दत्तमस्ति अत्र पदं समस्तपदं युधिष्ठिरः इति पदमस्ति तत्र युधि इति सप्तमी विभक्त्यन्तं पदं यथा भवत् शब्दस्य सप्तमी विभक्तिरूपं भवति तथा एव अत्रापि सप्तमी विभक्त्यन्तं पदं युधि इति अस्ति अनन्तरं स्थाधातोः रूपमेव स्थिरः किन्तु तत्र विशिष्टसूत्रेण षकारः आयाति तदनन्तरं स्तुत्वसन्धिः भवति स्तोः स्तुनाष्टुः इति सूत्रेण स्तुत्वं भूत्वा युधिष्ठिरः इति पदम् आयाति किन्तु अत्र अस्य पदस्य प्राधान्यता का इति पश्यामश्चेत् युधिष्ठिरः इत्यस्मिन् पदे पूर्वपदस्य विभक्तेः लोपः न जातः इत्युक्ते पूर्वपदस्य विभक्तिः यथावत् तिष्ठति इत्युक्ते भिन्नरीत्या वक्तुमिच्छामश्चेत् तत्र अलुक् भवति पूर्वपदस्य विभक्तेः अलुक् भवति इति वक्तुं शक्यते इत्युक्ते अलुक् प्रकरणे तादृशानि कार्याणि भवन्ति. अत्र उदाहरणार्थं युधिष्ठिरः इति पदं दत्तमस्ति. अस्मिन् अलु उत्तरपदाधि अधिकारसूत्रेषु उत्तरपदे परे पूर्वपदस्य इत्युक्ते विशिष्टम् उत्तरपदमस्ति चेत् पूर्वपदस्य पूर्वपदे कीदृशं परिवर्तनं भवति, कानि कानि कार्याणि पूर्वपदे भवन्ति, किमपि विशिष्टम् उत्तरपदमस्ति चेत्, एतत् सर्वम् अत्र अधिकारसूत्रे दत्तमस्ति. किञ्चित् उत्तरपदमस्ति चेत् पूर्वपदे कानि कानि कार्याणि भवितुमर्हन्ति इति अस्मिन् प्रकरणे दत्तमस्ति उत्तराधिकारे इत्यनेन. तत्र कीदृशानि कार्याणि भवन्ति, एतदर्थम् उदाहरणार्थम् अलुक् इति एकं कार्यं, ह्रस्वत्वम् इति एकं कार्यं, दीर्घत्वम् अन्यत् कार्यं, पुंवद्भावः अन्यत् कार्यम् इत्यादीनि कार्याणि अस्मिन् अधिकारे पठ्यन्ते इति लिखितमस्ति. अनन्तरं वदतु
उम्मत् कार्यम् इत्युक्ते किं,
पुनः पृच्छतु.
उम्मत् कार्यं भवत्या इत्युक्ते किम्?
इत्युक्ते तत्र साधारणतया उत्तम इति पदं भाषितपुंस्कः शब्दः, इत्युक्ते अत्र उत्तम इति पदं विशेषणमस्ति इति कृत्वा त्रिषु लिङ्गेषु तस्य रूपाणि भवन्ति. उत्तमः बालकः, उत्तमा बालिका, उत्तमं पुस्तकम् इत्युक्ते विशेषणमस्ति इति कृत्वा तत्र तस्य रूपाणि त्रिषु लिङ्गेषु भवन्ति. किन्तु यदा वयं समस्तपदनिर्माणं कुर्मः तदा पुंवद्भावं कुर्मः, इत्युक्ते तत्र उत्तमा बालिका इति विग्रहवाक्यं भवति. किन्तु समस्तपदरूपसाधनार्थं द्वयोः पदयोः प्रातिपदिकमेव स्वीकर्तव्यम्. बालिका इत्यस्य प्रातिपदिकं बालिका एव, किन्तु उत्तमा इत्यस्य प्रातिपदिकम् उत्तमा. किन्तु समस्तपदं किं भवति? उत्तमबालिका. तत्र ह्रस्वत्वं कथं किमर्थं भवति इत्युक्ते तत्र प्रातिपदिकं पुंलिङ्गवत् स्वीकर्तव्यम्. इत्युक्ते तस्मिन् समस्तपदे उत्तमबालिका इत्यस्मिन् समस्तपदे पूर्वपदम् उत्तमा इति पदं त्रीलिङ्गपदम् अपि च भाषितपुंस्कः शब्दः. इत्युक्ते भाषितपुंस्कः शब्दः इत्युक्ते तस्य रूपाणि त्रिषु लिङ्गेषु भवन्ति इति अर्थः. यथा मया उक्तम् उत्तमा, उत्तमम्, उत्तमः एतादृशानि रूपाणि सन्ति इति कृत्वा तस्य नाम अस्ति भाषितपुंस्कः. पूर्वपदं भाषितपुंस्कः शब्दः अस्ति चेत् समस्तपदनिर्माणावसरे पुंवद्भावं कृत्वा उत्तमबालिका इति भवति. इत्युक्ते प्रातिपदिकं तस्य पदस्य प्रातिपदिकं पुंलिङ्गवत् स्वीकर्तव्यम् इति एकं कार्यम् इत्युक्ते एतादृशानि कार्याणि अत्र उत्तरपदाधिकार यत्र यत्र उत्तरपदाधिकारः अस्ति तत्र अत्र संख्या दीयते. षष्ठाध्याये एतादृशानि कार्याणि सर्वाणि भिन्नभिन्नकार्याणि पूर्वपदे भवन्ति. उत्तरपदं किमपि विशिष्टं पदमस्ति चेत् एव तत्र एतादृशानि कार्याणि भवन्ति. अग्रे भवती एव पठतु भगिनि, विलम्बः जातः.
समासान्ताधिकारः. अस्मिन् अधिकारे समासान्तप्रत्ययाः विधीयन्ते. समासान्तप्रत्ययाः तद्धिताधिकारे सन्ति इत्यतः एव समासान्तप्रत्ययाः अपि तद्धितप्रत्ययाः इत्येव परिगण्यन्ते. एते समासान्तप्रत्ययाः तद्धितसंज्ञकाः समासस्य अन्ते आयान्ति, अपि च समासस्य अवयवाः भवन्ति. अतः एव समासान्तप्रत्ययः इति नाम्ना ज्ञायते. वयं केषाञ्चन सूत्राणाम् अध्ययनं कुर्मः प्रक्रियाकाले.
अग्रे अपि पठतु, अग्रे अपि पठतु.
समासान्ताः समासस्य अवयवाः सन्ति इत्यतः एव समासान्तानां योजनानन्तरं सम्पूर्णस्य समस्तपदस्य प्रातिपदिकसंज्ञा भवति. यद्यपि एतानि कार्याणि समस्तपदस्य निर्माणे भवन्ति तथापि प्रक्रिया तु तद्धितप्रक्रियाम् आश्रित्य एव भवति. अर्थात् तद्धितान्तपदस्य निर्माणार्थं या प्रक्रिया आश्रयणीया भवति समासप्रक्रियायाम् अपि समासान्तप्रत्ययं योजयित्वा सा एव प्रक्रिया आश्रयणीया भवति. अनेन कारणेन एव पाणिनिना एतानि सूत्राणि तद्धिताधिकारे स्थाप्यन्ते. समासान्तप्रत्ययाः समासस्य अन्ते तिष्ठन्ति इत्यतः एव एते समासस्य अवयवाः इति स्वीक्रियन्ते.
अत्र समासान्ताधिकारः इति दत्तमस्ति. एतदपि अधिकारसूत्रमस्ति. अधिकारसूत्रं तत्र पञ्चमाध्यायस्य चतुर्थपादस्य अष्टषष्टि सूत्रात् आरभ्य अत्र षष्ट्यधिक एकशतं सूत्रपर्यन्तं समासान्तप्रत्ययाः विधीयन्ते इति लिखितमस्ति. यदि वयं पुस्तकं पश्यामश्चेत् अत्र अष्टाध्यायी पुस्तके अष्टनवतितमे पुटे पश्यामश्चेत् अन्ते तस्मिन् पुटे अन्ते समासान्ताः इति दत्तमस्ति, समासान्तप्रत्ययाः. किन्तु एते समासान्तप्रत्ययाः अत्र तस्मात् पूर्वं पश्यामश्चेत् तद्धितप्रत्ययानां विषये सूत्राणि सन्ति, किन्तु समासान्तप्रत्ययाः तद्धिताधिकारे किमर्थं दत्तमस्ति दत्तानि एतानि इत्युक्ते समासान्तप्रत्ययाः तद्धिताधिकारे सन्ति इत्यतः एव समासान्तप्रत्ययाः अपि तद्धितप्रत्ययाः इति परिगण्यन्ते. इत्युक्ते तद्धिताधिकारे एव एते प्रत्ययाः स्थापिताः अष्टाध्याय्याम्. एते समासान्तप्रत्ययाः तद्धितसंज्ञकाः, समासस्य अन्ते आयान्ति, अपि च समासस्य अवयवाः भवन्ति इति कृत्वा तत्र स्थापितानि. एव अतः एव समासान्तप्रत्ययः इति नाम्ना ज्ञायते. अग्रे किम् अस्ति अत्र इत्युक्ते एते समासान्तप्रत्ययाः समासस्य अवयवाः भवन्ति इति कृत्वा तत्र स्थापितानि. अपि च यद्यपि एतानि कार्याणि समस्तपदस्य निर्माणे भवन्ति इत्युक्ते समस्तपदनिर्माणावसरे अत्र तद्धितप्रक्रियायां यानि यानि कार्याणि भवन्ति तादृशानि कार्याणि एव अत्रापि समासान्तप्रत्ययानां योजनस्य अनन्तरं भवन्ति इति कृत्वा तादृशी प्रक्रिया एव अस्माभिः आश्रयणीया भवति इति लिखितमस्ति. तदर्थमेव अत्र समासान्तप्रत्ययाः तद्धिताधिकारे दत्तमस्ति. दत्तानि समासान्तप्रत्ययाः समासस्य अन्ते तिष्ठन्ति इत्युक्ते तत्र उदाहरणार्थं भगिनी टच् प्रत्ययं, टच् इति एकः प्रत्ययः अस्ति इति भगिनी उक्तवती. किन्तु अत्र अस्माकं कृते किञ्चित् विलम्बः जातः, अतः अत्र स्थगयाम, बहुकालातीतः अभवत्. अपि च अग्रे किं लिखितमस्ति, अग्रिमे सप्ताहे अपि पुनः एकवारम् अष्टाध्यायी पुस्तकं दृष्ट्वा एतेषां विषये इतोपि चिन्तनं कुर्मः. किन्तु अन्ते किं दत्तमस्ति, ययो वदतु
ययो
पुष्प माता पुष्पदीक्षितस्य पुस्तकः वा पुस्तकं वा?
आं भगिनि, माता पुष्पदीक्षितायाः. अत्र अग्रिमं वाक्यं ययोः कयोः अपि पदयोः समासः भवति वा इत्युक्ते तत्र द्वयोः पदयोः मध्ये कीदृशसम्बन्धः अपेक्षितः, ययोः कयोः पदयोः मध्ये समासः भवति वा न वा इति अपि अस्माभिः चिन्तनीयं. तस्य उत्तरमेव अग्रे दत्तमस्ति. अग्रिमे सप्ताहे पुनः एकवारं मिलित्वा वयं सर्वे तस्य उत्तरं ज्ञातुं किञ्चित् प्रयत्नं करिष्यामः. सर्वेषां धन्यवादः.
अनेके अनेके धन्यवादः भगिनि. अनेके
धन्यवादः.
धन्यवादः.